लक्ष्मी व्याकरणवर्गं प्रति स्वागतम्। आदौ मङ्गलाचरणं कुर्मः, पश्चात् पाठं प्रति गच्छेम। भगिनी स्मरयतु।
ॐ चरसमाम्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। येन दौता गिरः पुंसां विमलैः शब्दवारिभिः तमश्चाज्ञानजं भिन्नं तस्मै पाणिनये नमः। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारञ्च प्रणतोऽस्मि मुनित्रयं। हरिः ॐ श्रीगुरुभ्यो नमः। धन्यवादः।
धन्यवादाः भगिनी। अद्यतनपाठस्य शीर्षकमस्ति कृत् प्रत्ययाः अपि सार्वधातुकाः आर्धधातुकाश्च। अयं पाठः गते वर्गे आरब्धः। अस्मिन् पाठे एकं चित्रमस्ति। चित्रस्य प्रसङ्गे गते वर्गे एव चर्चा अभवत्। सारांशत्वेन वक्तव्यं चेत्, चित्रस्य सारांशः कः इति ज्ञातव्यं चेत्, सार्वधातुकतिङ्गन्तानां रूपसाधनवेलायां यादृशानि कार्याणि भवन्ति अथवा प्रक्रिया यादृशी भवति, कर्त्रार्थकसार्वधातुककृदन्तानां प्रसङ्गे अपि तादृशानि कार्याणि एव भवन्ति, प्रक्रिया तादृशी एव भवति, तत्र प्रक्रियासाम्यं वर्तते। कर्त्रार्थकसार्वधातुककृदन्तरूपसाधनवेलायाम् अपि प्रक्रिया सार्वधातुकप्रक्रिया एव, तत्रापि दशानां धातुगणानां रूपभेदाः जायन्ते। कर्त्रार्थकसार्वधातुककृदन्तानां प्रसङ्गे अपि गणचिन्तनं भवति। कर्त्रार्थकसार्वधातुककृदन्तानां प्रसङ्गे अपि गणविकरणप्रत्ययः आयाति। यथा सार्वधातुकतिङ्गन्तरूपसिद्धौ गणचिन्तनं भवति, गणविकरणप्रत्ययः आयाति। एवमेव कर्त्रार्थकसार्वधातुककृदन्तानां प्रसङ्गे अपि भवति। इत्युक्ते द्वयोः प्रसङ्गे प्रक्रियासाम्यं वर्तते। गते वर्गे भुआदिगणे कर्त्रार्थकसार्वधातुककृदन्तरूपसिद्धिः कथं भवति, कर्त्रार्थकसार्वधातुककृदन्तरूपम् इति कथनेन शत्रन्तरूपाणां चिन्तनं करणीयं। शत्रुप्रत्ययः कीदृशः, शत्रुप्रत्ययस्य स्वभावः कः इति पश्यामश्चेत्, शत्रुप्रत्ययः धातोः परम् आयाति। शत्रुप्रत्ययः कर्त्रार्थकप्रत्ययः, कर्तरि कृत् इति एकं सूत्रमस्ति, तेन सूत्रेण कर्त्रार्थकप्रत्ययः भवति शत्रुप्रत्ययः। कर्तरि कृत् इति सूत्रं सामान्यसूत्रं, तेन सूत्रेण कृदन्तपदानि इत्युक्ते कृत्प्रत्ययाः कर्त्रार्थकप्रत्ययाः भवन्ति सामान्यतया, किन्तु तस्य कृते अपवादाः सन्ति। एकम् अपवादसूत्रमस्ति, तयोरेव कृत्यक्तखलर्थाः, तयोरेव कृत्यक्तखलर्थाः, तयोः एव इति कथनेन कर्मण्यर्थे भावार्थे एव इति अर्थः अस्ति। कृत्यक्तखलर्थाः इति उक्तमस्ति। कृत्य इति कथनेन केचन कृत्यप्रत्ययाः सन्ति, कृत् प्रत्ययाः भिन्नाः, कृत्यप्रत्ययाः भिन्नाः। कृत्यप्रत्ययाः सप्त सन्ति, तव्यत्, तव्या, अनियरु, ञत्, यत्, खेलिमरु, क्यप् इति भाति। सप्त कृत्यप्रत्ययाः सन्ति, सप्त कर्मार्थे भवन्ति, क्ताप्रत्ययः अपि कर्मार्थे भवति। इत्युक्ते तयोरेव कृत्यक्तखलर्थाः इति सूत्रं कर्तरीकृतसूत्रस्य कृते अपवादसूत्रं भवति। अस्माकं विषयः तु सत्रन्तरूपाणां चिन्तनं, सत्रन्तरूपसिद्धिः अपि सार्वधातुकप्रक्रिया एव। सत्रप्रत्ययस्य स्वभावः कः इति प्रश्ने सति, सत्रप्रत्ययः कर्त्रार्थकः, शत्रुप्रत्ययः षित् अस्ति, लषक्वतधित इति सूत्रेण शत्रुप्रत्यये षकारस्य इत् संज्ञा भवति। षकारः इत् यस्य सः षित् इति वदामः खलु, षित् वात् शत्रुप्रत्ययः सार्वधातुकप्रत्ययः। शत्रुप्रत्यये अनुबन्धलोपानन्तरम् अत् एव अवशिष्यते। तत्र ऋकारः अपि अनुनासिकऋकारः अस्ति, उपदेशे जुनुनासिक इत् इति सूत्रेण अनुनासिकऋकारस्य इत् संज्ञा भूत्वा तस्य लोपः इत्यनेन ऋकारस्य लोपः भवति। लषक्वतधिते इत्यनेन इत्संज्ञकः भूत्वा तस्य लोपः सूत्रेण तस्य लोपः भवति, अनुबन्धलोपे सति शत्रुप्रत्यये अत् एव अवशिष्यते. शत्रुप्रत्ययः कर्त्रार्थकप्रत्ययः कर्तरीकृत् सूत्रेण, किन्तु कर्तरीकृत् सूत्रस्य कृते अपवादाः सन्ति. गते वर्गे वयं भुवादिगणीय पठ् धातोः प्रसङ्गे चिन्तनं कृतवन्तः. शत्रन्तरूपसिद्धिः कथं भवति इति ज्ञातवन्तः. अत्र पठ् इति धातुः अस्ति भुवादिगणे. पठ् धातोः परं शत्रुप्रत्ययं योजयामः. शत्रुप्रत्ययः शित्वात् सार्वधातुकः अपि च कर्त्रर्धकः खलु, अतः सार्वधातुककर्त्रर्धकप्रत्ययः पठ् धातोः परम् अस्ति. तदा किं भवति, कर्तरि शप् आगन्तुं शक्नोति. तस्यां दशायां धातुः कस्मिन् गणे अस्ति इति द्रष्टव्यं. धातुः भुवादिगणे अस्ति, भुवादिगणे अस्ति इति कारणतः शप् आयाति. पठ् योगः शप् योगः शत्र इति स्थितिः अस्ति. अनुबन्धलोपे सति पठ् योगः आयोगः अत् इति स्थितिः अस्ति. तत्र अतो गुणे इति सूत्रेण पूर्वपरयोः स्थाने पररूपम् एकादेशः भवति. अतो गुणे सूत्रेण पठ् इति अङ्गं भवति शत्रुप्रत्ययस्य कृते. पठ् अङ्गं भवति, धातुः एव अङ्गं भवति. शप् प्रत्ययस्य कृते पठ् अङ्गं भवति. शत्रुप्रत्ययस्य कृते पठ अङ्गं भवति. शत्रुप्रत्ययस्य कृते पठ अङ्गं भवति. पठायोगः अत् इति स्थितिः अस्ति. पठायोगः अत् तत्र सामान्यकार्यम् इत्युक्ते अकः सवर्णे दीर्घः इति सूत्रेण सन्धिकार्यं कुर्मः चेत् पठात् इति अनिष्टं रूपं सिद्ध्यति. सवर्णदीर्घसन्धिकार्यं तत्र न भवति. भवति चेत् अनिष्टरूपापत्तिः अस्ति. अतः तत्र अपवादत्वेन अतो गुणे इति सूत्रेण एकः पूर्वपरयोः इति एकम् अधिकारसूत्रमस्ति. इदम् अतो गुणे इति सूत्रम् एकः पूर्वपरयोः इत्यस्मिन् अधिकारे अस्ति. अतः द्वयोः स्थाने पूर्वपरयोः स्थाने पररूपम् एकादेशः भवति अतो गुणे इत्यस्मिन् सूत्रे. अतः इति कथनेन अपदान्तह्रस्व अकारः इति अर्थः अस्ति. अत्र पठ इति रूपमस्ति खलु, पठ इत्यस्य पदसंज्ञा नास्ति, पदत्वं नास्ति. एतावत् पर्यन्तं तस्य अन्ते सुप्रत्ययः वा तिङ्प्रत्ययः वा नास्ति, तस्य पदसंज्ञा नास्ति, तत् अपदम् एव. अतः अपदान्तह्रस्वाकारः अस्ति पठ इत्यत्र. अतः अतो गुणे सूत्रस्य कृते निमित्तानि पूरितानि सन्ति. अत् इत्यत्र अकारः अस्ति खलु, सः अकारः गुणसंज्ञकवर्णः. अदेङ्गुणः इति संज्ञासूत्रमस्ति. तेन सूत्रेण गुणसंज्ञकवर्णाः के इति उच्यते. अकारः एकारः ओकारः एते त्रयः वर्णाः गुणसंज्ञकवर्णाः. इत्युक्ते अपदान्तह्रस्व अकारात् परं गुणसंज्ञकवर्णः अकारः अस्ति इति कारणतः तत्र अतो गुणे इति सूत्रेण पूर्वपरयोः स्थाने पररूपम् एकादेशः भवति. तेन पठत् इति प्रातिपदिकं सिद्ध्यति. किन्तु स्त्रीलिङ्गे पठन्ती एव प्रातिपदिकमस्ति. भुवादिगणे स्त्रीलिङ्गसत्रन्तरूपेषु नित्यरूपेण नुमागमः भवति. शप् श्यनोर्नित्यम् इत्येकं सूत्रमस्ति. शप् श्यनोर्नित्यम् इति सूत्रेण स्त्रीलिङ्गसत्रन्तरूपेषु नुमागमः नित्यरूपेण भवति भुवादिगणे. पठ् धातुः भुवादिगणे अस्ति, अतः पठन्ती इति प्रातिपदिकं सिद्ध्यति. तत्र प्रातिपदिके एव नुमागमः अस्ति. प्रातिपदिके एव नुमागमः अस्ति चेदेव सर्वेषु रूपेषु, सप्तसु विभक्तिषु, त्रिषु लिङ्गेषु नुमागमसहितं रूपं द्रष्टुं शक्नुमः. उदाहरणार्थं पठन्ती, पठन्त्यौ, पठन्त्यः, पठन्तीं, पठन्त्यौ, पठन्तीः, पठन्त्याः, पठन्त्यां, पठन्तीभिः, एवं रूपाणि वदामः. तत्र भुवादिगणे पठन्ती शब्दस्य रूपाणि एवं वदामः. अतः नुमागमः प्रातिपदिके एव अस्ति इति स्मर्तव्यः अंशः स्त्रीलिङ्गप्रसङ्गे. पुंलिङ्गे पठत् इति प्रातिपदिकम् अस्ति, किन्तु पुंलिङ्गप्रथमाविभक्ति एकवचनरूपं पठन् नुमागमः अस्ति पुंलिङ्गरूपेषु. पठन् पठन्तौ, पठन्तः, पठन्तं, पठन्तौ, पठतः, एवं रूपाणि भवन्ति. एवं रीत्या वयं गते वर्गे भुवादिगणे शतरन्तरूपसिद्धौ अपि गणचिन्तनं भवति इति अवगतवन्तः. किमर्थं चेत् शत्रुप्रत्ययः सार्वधातुकः कर्त्रार्थकः. इत्युक्ते सार्वधातुकप्रक्रियायां सार्वधातुकतिङन्तानां प्रसङ्गे यादृशरीत्या गणविकरणप्रत्ययः आयाति तादृशरीत्या एव कर्त्रार्थकसार्वधातुककृदन्तानां प्रसङ्गे अपि इत्युक्ते सत्रन्तानां प्रसङ्गे अपि गणविकरणप्रत्ययः आयाति. गणचिन्तनम् अवश्यं करणीयं. सः धातुः कस्मिन् गणे अस्ति इत्यस्य आधारेण एव तत्र गणम् अनुसृत्य तत्तद्गणीयगणविकरणाः आयान्ति शत्रन्तरूपसिद्धौ अपि इति मुख्या वार्ता. तत्र प्रक्रिया साम्यम् अस्ति. इतोपि अन्या वार्ता अस्ति. साधारणतया शत्रन्तरूपसाधनवेलायां सरलमार्गः अस्ति, शास्त्रीयमार्गः अस्ति. सरलमार्गः कः इत्युक्ते शत्रन्तरूपसाधनवेलायां पठ्धातुं स्वीकुर्मः. पठ्धातोः प्रथमपुरुष बहुवचनरूपं किमस्ति? पठन्ति अस्ति. पठन्ति इत्यत्र प्रक्रिया कीदृशी अस्ति इति प्रश्ने सति पठ्धातुः अस्ति. पठ्धातुः भुवादिगणे अस्ति, अतः शप आयाति. पठ इति अङ्गमस्ति. अन्ति इति प्रत्ययस्य कृते, अन्ति इति कः इत्युक्ते अन्ति इति सिद्धप्रत्ययः, सिद्धतिङ् प्रत्ययः इत्युक्ते मूलप्रत्ययः अस्ति खलु. टिप् तस् झि इति प्रत्ययः अस्ति खलु. झि इति प्रत्ययस्य स्थाने तत्र झोन्तः इति सूत्रेण अन्त् आदेशः भवति. अतः सिद्धप्रत्ययः लट्लकारे भुवादिगणे सिद्धप्रत्ययः अन्ति इति प्रत्ययः अस्ति. अन्ति इति प्रत्ययः कीदृशप्रत्ययः? अन्ति इति प्रत्ययः सार्वधातुकप्रत्ययः एव, किन्तु पित् नास्ति. टिप् तस् झि, झि प्रत्ययः पित् नास्ति खलु. झि प्रत्ययस्य स्थाने खलु अन्त आयाति. अतः अन्त् प्रत्ययः अपि अपित् प्रत्ययः. आहत्य अन्ति इति प्रत्ययः सार्वधातुकः किन्तु अपित् प्रत्ययः. एवमेव अत्र शत्रुप्रत्ययः अपि शित्वात् सार्वधातुकः. अनुबन्धलोपे सति तस्य रूपं किमस्ति? अत् अस्ति. अत् प्रत्ययः अस्ति. शत्रुप्रत्ययस्य अवशिष्टभागः अनुबन्धलोपे सति तस्य रूपम् अत् अस्ति. अत् प्रत्ययः इत्युक्ते शत्रुप्रत्ययस्य अनुबन्धलोपानन्तरम् अत् इति रूपं दृश्यते खलु. तत् अत् इति रूपं सार्वधातुकः किन्तु अपित्. पश्यन्तु, प्रथमपुरुष बहुवचन सिद्धप्रत्ययः अन्ति अस्ति, शत्रुप्रत्ययः अत् अस्ति. पठ् इति अङ्गं भवति शप् प्रत्ययस्य कृते. पठ इति अङ्गं भवति अन्ति इति प्रत्ययस्य कृते. प्रथमपुरुष बहुवचनप्रत्ययः अन्ति अस्ति, तस्य कृते अङ्गमस्ति पठ. तत्र पठ इति अङ्गमस्ति, अदन्तम् अङ्गमस्ति. अत्र सरलमार्गः कः इत्युक्ते प्रथमपुरुष बहुवचनरूपे पठ इति अङ्गात् परम् अन्ति योजयामः, किन्तु शत्रुप्रत्ययस्य रूपसाधनवेलायाम् अत् योजयामः. तावानेव भेदः. इत्युक्ते पठयोगः अत् योजयामः. तत्र अतो गुणे सूत्रं कार्यं करोति. द्वयोः प्रसङ्गे पररूपम् एकादेशः भवति, तेन पठत् इति रूपं सिद्ध्यति. किन्तु प्रथमपुरुष बहुवचनरूपं पठन्ति. पठन्ति इत्यत्र पठयोगः अन्ति योजयामः, किन्तु शत्रुप्रत्ययस्य रूपसाधनवेलायां पठयोगः अत् योजयामः. प्रत्येकस्मिन् गणे तथा चिन्तयितुं शक्नुमः. एषः एव सरलमार्गः. इत्युक्ते लट्लकारप्रथमपुरुष बहुवचनरूपं स्वीकृत्य तत्र अन्तिस्थाने अत् योजयामश्चेत् शत्रन्तप्रातिपदिकनिर्माणं भवति इति सरलमार्गः. शास्त्रीयमार्गः अपि अस्ति. यदा वयं शत्रन्तानां प्रसङ्गे गभीरचिन्तनं कुर्मः तदा वयं तस्मिन् प्रसङ्गे इतोपि स्पष्टतया अवगन्तुं शक्नुमः. एतावत्पर्यन्तम् अस्माकम् अवगमनं किं? सार्वधातुकतिङ्गन्तानां प्रसङ्गे सार्वधातुककर्त्रर्थककृदन्तानां प्रसङ्गे चिन्तनं समानम्, अपि च आर्धधातुकतिङ्गन्तानां प्रसङ्गे आर्तधातुककृदन्तानां प्रसङ्गे चिन्तनसाम्यम् अस्ति अथवा चिन्तनं समानमस्ति. आर्धधातुकप्रक्रियायां कृदन्तानां प्रसङ्गे तिङ्गन्तानां प्रसङ्गे इडागमचिन्तनम् अवश्यं करणीयम्. अस्माकं प्रकृतिविषयः तु सार्वधातुककृत् प्रत्ययाः, विशेषतः शत्रन्तरूपसिद्धिः. गते वर्गे भुवादिगणस्य प्रसङ्गे चिन्तनं कृतं खलु. अद्य अदादिगणे वच् इति धातुं स्वीकृत्य शत्रन्तरूपसिद्धौ किं किं वैशिष्ट्यमस्ति, रूपं कथं सिद्ध्यति इति अवलोकयेम. वच् धातुं स्वीकृत्य अद्य पठामः. नीलं भगिनी, भवती एव आरम्भं करोतु.
कर्पत्रे तत्र अदादौ वच् योग अत् अस्ति, तत्र कर्तरि शप् इत्यनेन तत्र वच् योग शप् योग अत् भवति. अनन्तरम् अधिप्रभृतिभ्यः शप् इति सूत्रेण तत्र इत्यनेन शप् लुक् तस्य लोपः भवति. वच् योग अत् वचत् इति प्रातिपदिकं सिद्ध्यते. पुल्लिङ्गे वचन् स्त्रीलिङ्गे वचन्ति इति रूपं सिद्ध्यति. सो अदादिगणे तत्र द्वितीयगणे तत्रापि सार्वधातुप्रक्रियायां कर्तार्थके सार्वधातुप्रक्रियायां तत्र कृदन्तेषु तत्र शत्र इति प्रत्ययः आश्रित्वात् सार्वधातुक अस्ति, अतः तत्र कर्तरि शप् सार्वधातुके इति सूत्रेण तत्र शप् प्रत्ययस्य विधानं भवति. मध्ये शप् प्रत्ययः आयाति, परन्तु तत्र एकम् अन्यत् सूत्रम् अस्ति अधिप्रभृतिभ्यः शप्, तेन सूत्रेण शप् लुक् भवति, तस्य लोपः सम्पूर्णतया लोपः भवति. अतः तत्र विकरणप्रत्ययस्य भागः किमपि नास्ति. सो तत्र वच् योगः अत् भवति. वच् योग अत् कुर्मः चेत् तत्र वचत् इति यः प्रातिपदिकम् अस्ति तत् वचत् इति वर्णमेलनेन तत्र केवलं वर्णमेलनम् अस्ति. वचत् इति प्रातिपदिकं कृदन्त् प्रातिपदिकं सार्वधातुकप्रक्रियायां तत्र निष्पद्यते.
अत्र अतोगुणे कार्यं नास्ति खलु?
आम्, अत्र अतोगुणे इति अत्र अदन्ताङ्गं नास्ति, अतः
शपः लुक् भवति इत्यतः अदन्तम् अङ्गं नास्ति, अतोगुणे सूत्रस्य कार्यं न भवति. आवरणे वचन्ति इति रूपं दत्तमस्ति, भवती दृष्टवती वा? अत्र मुद्रणदोषः अस्ति इति मम अवगमनमस्ति. किमर्थं चेत् वचति इति एव प्रातिपदिकं सिद्ध्यति अदादिगणे. स्त्रीलिङ्गसत्रन्तरूपेषु नुमागमकार्यं भवितुं कानिचन सूत्राणि सन्ति, विशिष्टसूत्राणि. शप् श्यनोर्नित्यम् इति एकं सूत्रमस्ति. यत्र यत्र शबन्तमङ्गमस्ति, श्यनन्तमङ्गमस्ति, तत्र नुमागमः नित्यरूपेण भवति शत्रन्तस्त्रीलिङ्गरूपेषु शप् श्यनोर्नित्यम् इति सूत्रेण. तेन भुवादिगणे, चुरादिगणे, अपि च दिवादिगणे शत्रन्तस्त्रीलिङ्गरूपेषु नुमागमः भवति. अपि च तुदादिगणे एकं विशिष्टं सूत्रमस्ति, आच्छी नद्योर्नुम्. तुदादिगणे आच्छी नद्योर्नुम् इति विशिष्टसूत्रेण नुमागमः विकल्पेन भवति. अन्यत्र नुमागमः स्त्रीलिङ्गसत्रन्तरूपेषु न भवति. अदादिगणे नुमागमः स्त्रीलिङ्गसत्रन्तरूपेषु न भवति इति कारणतः वचति इति एव अत्र रूपं स्यात्. मुद्रणदोषः अस्ति इति मम अवगमनमस्ति. अदादिगणस्य प्रसङ्गे सप् श्यनोर्नित्यं सूत्रस्य प्रसक्तिः नास्ति. आच्छीनद्योर्नुम् इति सूत्रस्य प्रसक्तिः अपि नास्ति अदादिगणे. अतः अत्र नुमागमसहितं रूपं न लभ्यते. वचति इति एव प्रातिपदिकम् अस्ति. अदन्तमङ्गं न सिध्यति, वच इति अदन्तमङ्गं न सिध्यति. किमर्थं वच इति अदन्तमङ्गं न सिध्यति इति प्रश्ने सति शपः लुक् भवति. इत्युक्ते अत्र आदौ कर्तरि शप् आयाति, किन्तु अधिप्रभृतिभ्यः शपः सूत्रेण शपः लुक् भवति. लुक् इति किम्? लुक् इति एकप्रकारकलोपः. एकं संज्ञासूत्रमस्ति लोपकार्यार्थम्, एकं संज्ञासूत्रमस्ति प्रत्ययस्य लुक् श्लू लुपः. प्रत्ययस्य लुक् श्लू लुपः. लुक् इति एकप्रकारकलोपकार्यं, श्लू इति अन्यप्रकारकलोपकार्यम्. अदादिगणे शप् विकरणप्रत्ययस्य लुक् भवति. लुक् भवति इति कथनेन कः अर्थः? प्रत्ययस्य लुक् भवति चेत् लुक् इति कार्यम् आश्रित्य तत्र विशिष्टं कार्यं भवति. उदाहरणार्थं स्तौति इति एकं रूपमस्ति. स्तु इति धातुः अस्ति. स्तु धातुः अदादिगणे अस्ति. स्तु धातोः लट्लकार प्रथमपुरुष एकवचनरूपं स्तौति अस्ति. तत्र वृद्धिकार्यं भवति. स्तु धातोः प्रसङ्गे वृद्धिकार्यं भूत्वा स्तौति. यु अस्ति चेत् यौति, नु अस्ति चेत् नौति इत्यादीनि रूपाणि सिद्ध्यन्ति. तत्र एकं विशिष्टं कार्यम् अस्ति, वृद्धिकार्यम्. अतो वृद्धिर्लुकी हली इति एकं सूत्रमस्ति. तेन सूत्रेण वृद्धिकार्यं भवति, अतो वृद्धिर्लुकि हलि सूत्रेण वृद्धिकार्यं भूत्वा तादृशं रूपं सिद्ध्यति, स्तौति, नौति, यौति इत्यादीनि रूपाणि सिद्ध्यन्ति अदादिगणे। तादृशानि कार्याणि लुक् इति कार्यम् आश्रित्य भवन्ति, इत्युक्ते लुक् इति एकं विशिष्टं कार्यं, तादृशं लोपकार्यम् आश्रित्य अन्यानि विशिष्टानि कार्याणि भवन्ति इति अवगन्तुम् उदाहरणम् उक्तवती। तत्र लुक् इति प्रकारकलोपकार्यम् आश्रित्य अतो वृद्धिर्लुकि हलि सूत्रस्य कार्यं भवति, लुक् कार्यम् आश्रित्य तत् कार्यं भवति। अपि च जुहोत्यादिगणे श्लू भवति, शपः श्लू भवति, अग्रे आयस् इति एव। भगिनी भवती वक्तुमिच्छति वा वच् धातोः लट्लकार प्रथमपुरुष एकवचनरूपं किम् अस्ति? प्रथमपुरुष एकवचनरूपम्,
प्रथमपुरुष एकवचनरूपं, तत्र शप् इति
चिन्ता मास्तु, वक्ति वक्ति इति रूपम् अस्ति, वच् धातोः वक्ति इति रूपम् अस्ति। भवती वक्तुमिच्छति वा तत् रूपं कथं भवति इति?
तत्र तकारः जल प्रत्याहारस्य वर्णः, अतः तत्र चोहस्कु इति सूत्रेण तत्र जली परे तत्र चवर्गीयव्यञ्जनः पदान्ते अस्ति, अन्ते अस्ति चेत् तत्र तस्य कवर्गीय आदेशः भवति, सो तत्र वक्ति इति भवति।
बहु सम्यक् उक्तवती भगिनी, वच् योगः तिप्, वच् योगः तिप् तावदेव। अदादिगणे शपः लुक् भवति, अतः तत्र शप् न आयाति मध्ये, अतः वच् योगः तिप् इति स्थितिः अस्ति। तिप् इत्यत्र पित्वम् अस्ति, किन्तु वच् इत्यत्र गुणकार्यं भवितुं तत्र आनुकूल्यं नास्ति खलु, तिप् इत्यत्र अनुबन्धलोपे सति ति एव अवशिष्यते, वच् योगः ति इति स्थितिः। वच् योगः ति, तत्र तकारः झल्वर्णः, झल्वर्णः परः अस्ति इति कारणतः चोः कुः इति सूत्रेण चकारस्य स्थाने ककारः आयाति, तेन वक् वक् योगः ति वक्ति इति रूपं भवति, वक्ति वक्तः वचन्ति इति रूपाणि भवन्ति। पश्यन्तु प्रथमपुरुष बहुवचनरूपं वचन्ति, वचन्ति इत्यत्र वच् योगः अन्ति, अन्ति इति सिद्धप्रत्ययं योजयामः तत्र, किन्तु शत्रन्तरूपसाधनवेलायां किं रूपं योजनीयम्? अत् योजनीयं, वच् योगः अत् योजनीयं, तावानेव भेदः। अहं पूर्वम् उक्तवती खलु प्रथमपुरुष लट्लकार बहुवचनरूपसाधनवेलायाम् अन्ति इति सिद्धप्रत्ययं योजयामः, शत्रन्तरूपसाधनवेलायाम् अङ्गं स्वीकृत्य अत् इति योजयामः, तदेव अत्र लिखितमस्ति, वच् योगः अत् वचत् इति प्रातिपदिकम् अस्ति, किन्तु प्रथमाविभक्ति एकवचन पुंलिङ्गरूपं वचन्, प्रथमाविभक्ति स्त्रीलिङ्ग एकवचनरूपं वचति इति एव भवति। जुहोत्यादिगणे किं भवति इति पश्येम। नरसिंहहेग्डे महोदय, भवान् पठतु अग्रे किम् अस्ति।
क्षम्यतां भगिनि, अत्र अदादिगणे अपि नुमागमः भवति वा?
पुंलिङ्गरूपेषु प्रथमाविभक्ति एकवचने नुमागमः अस्ति, किन्तु स्त्रीलिङ्गरूपेषु नुमागमः नास्ति, इत्युक्ते आवरणे स्त्रीलिङ्गरूपं यद् दत्तमस्ति तत्र नुमागमः मा भवेत्, इत्युक्ते मुद्रणदोषः इति मम अवगमनमस्ति। पुंलिङ्गरूपं तु साधु एव, तत्रापि एकं वैशिष्ट्यमस्ति, पुंलिङ्गरूपाणां प्रसङ्गे अपि एकं वैशिष्ट्यमस्ति, पुंलिङ्ग शत्रन्त प्रथमाविभक्ति एकवचने नुमागमः दृश्यते सर्वेषु गणेषु, जुहोत्यादिगणे नास्ति। पश्यन्तु जुहोत्यादिगणस्य प्रसङ्गे अधुना आयाति, तत्र आवरणे पश्यन्तु प्रथमाविभक्ति एकवचनपुंलिङ्गरूपं ददत्तेव, न तु ददन्, ददन् इति रूपं न सिद्ध्यति तत्र, इत्युक्ते केवलं जुहोत्यादिगणे एव पुंलिङ्ग शत्रन्त प्रथमाविभक्ति एकवचने नुमागमः नास्ति। तत्र कारणं किम् इत्युक्ते नाभ्यस्तात् शतुः इति सूत्रमस्ति, न अभ्यस्तात् शतुः इति तत्र पदविच्छेदं कुर्मः चेत् रूपं भवति, न अभ्यस्तात् शतुः इत्युक्ते अभ्यस्तसंज्ञकात् शत्रुप्रत्ययस्य नुमागमः न भवति. वयं पूर्वं दृष्टवन्तः खलु द्वित्वं भवति जुहोत्यादिगणे, द्वित्वं भवति चेत् तत्र अभ्यस्तसंज्ञा दीयते, अभ्याससंज्ञा दीयते, एतत् सर्वं पठितं खलु. तत् सर्वम् अधुना स्मर्तव्यं. जुहोत्यादिगणस्य प्रसङ्गे द्वित्वकार्यं कथं भवति इतोपि किं ज्ञातव्यं? महोदय भवान् वदतु.
ज्योत्यादिगणे दायोग अत् कर्तरि शप् दायोग शप् योग अत् ज्योत्यादिभ्य श्लुः इत्यनेन शप श्लु लोपः ददत् ददत् ददति नाभ्यस्ताचसुः नाभ्यस्ताचतुः इत्यनेन अभ्यससंज्ञकात् अभ्यससंज्ञकात् शत्रुप्रत्ययस्य नु आगमो न भवति. अत्र धा इति अस्ति ज्योत्यादिगणीयधातु. जायोगात् अत् इति शित्वात् सार्वधातुकमस्ति, अतः कर्तरि शप् सार्वधातुक इत्यनेन शप् प्रति आयाति. परन्तु ज्योत्यादिभ्यश्लो इत्यनेन तस्य लोपः भवति, अतः दायोग अत्येव. अत्र दा ज्योत्यादिगणे अस्ति इतः श्लौ इति सूत्रेण तस्य दाधा भवति द्वित्वं भूत्वा. अनन्तरं ह्रस्व इति सूत्रेण धाक् प्रथमधकारस्य तस्य ह्रस्वत्वं भवति, दधा भवति. अनन्तरं पुनः तत्र एकं सूत्रमस्ति विस्मृतवान्, तत्र आकारस्य लोपः भवति, दद् इति भवति. दद्योगात् ददत् इति प्रातिपदिकं ददत् ददति इति रूपाणि.
श्नाभ्यस्तयोरातः इति श्नाविकरणप्रत्ययान्तम् अङ्गं क्रियादिगणे अस्ति, तत्रापि तस्य कार्यमस्ति खलु.
अथवा अभ्यस्तसंज्ञकवर्णस्य आकारस्य अपि लोपः भवति.
उत्तमं. तत् सूत्रं श्नाभ्यस्तयोरातः इति सूत्रम् अत्रापि कार्यं करोति. क्रयादिगणस्य प्रसङ्गे अपि तस्य कार्यम् अस्ति. जुहोत्यादिगणस्य प्रसङ्गे इतोपि किं ज्ञातव्यम्? अञ्जलि भगिनी भवती वदतु अत्र किं किं ज्ञातव्यम्.
धन्यवादः महोदय.
साधु महोदय. अस्मिन् प्रसङ्गे जुहोत्यादिगणस्य शत्रन्तरूपसिद्धौ ज्ञातव्याः अंशाः के? भवती किञ्चित् वदतु.
अत्र श्नाभ्यस्तयोरातः इति सूत्रस्य कार्यं भवति तदा दयोगः दायोगः अत् तस्य परिवर्तनं भूत्वा दयोगः दयोगः अत् इति निष्पद्यते. तदनन्तरम् अत्र नाभ्यस्ताश्चतुः इति सूत्रं कार्यं करोति. तेन अभ्यस्त अङ्गात् उत्तरस्य यदा शत्रुप्रत्ययः अस्ति, अत् इति शत्रुप्रत्ययः अस्ति, अतः नुगागमस्य प्रसङ्गः अस्ति. परन्तु नाभ्यस्ताश्चतुः इति सूत्रं वदति अभ्यस् दद् द इति अभ्यस्त अस्ति, तस्य परे शत्रुप्रत्ययः अस्ति, परन्तु तस्य नुमागमः न भवति, अतः ददत् इति एवं निष्पद्यते. ददन्
साधु भगिनि. अहं किं ज्ञातवती इति एकवारं वदामि. जुहोत्यादिगणः तृतीयगणः, शत्रन्तरूपसिद्धिः इति सार्वधातुकप्रक्रिया अस्ति. जुहोत्यादिगणे लट् लोट् लङ् विधि लिङ् एतेषु चतुर्षलकारेषु सार्वधातुकलकारेषु तिङन्तरूपसिद्धौ यादृशरीत्या द्वित्वं भवति तथा एव अत्रापि द्वित्वं भवति. जुहोत्यादिगणे आदौ कर्तरि शप् इति आयाति, किन्तु जुहोत्यादिभ्यः श्लुः इति सूत्रेण शपः श्लू भवति. श्लु इति अन्यप्रकारकलोपः. श्लूरूपेण लोपः भवति चेत् तदा द्वित्वकार्यं भवति. श्लौ इति सूत्रेण द्वित्वकार्यं भवति. इत्युक्ते श्लौ इति सप्तम्यन्तं पदं, श्लौ इति सूत्रम्, श्लौ इति सूत्रेण द्वित्वकार्यं भवति. अत्र दा इति धातुः अस्ति, दाने इत्यस्मिन् अर्थे अस्ति. डुदाय् औपदेशिकरूपं डुदाय् अस्ति, इत्युक्ते डु आदिर्निटुडवः इत्यनेन तस्य इत्संज्ञा भवति. ञकारः इत्युक्ते चवर्गीय अन्तिम अनुनासिकव्यञ्जनं, हलन्त्यम् इत्यनेन इत्संज्ञकः भूत्वा दा इति लौकिकधातुः अस्ति. धातोः परं दा धातोः परं कर्त्रर्थकसार्वधातुकशत्रुप्रत्ययः अस्ति. अतः शत्रुप्रत्ययः धातोः परमस्ति इति कारणतः कर्तरि शप् इत्यस्य प्रसक्तिः अस्ति. किन्तु तस्यां दशायां धातुः कस्मिन् गणे अस्ति इति द्रष्टव्यं. जुहोत्यादिगणीयधातुः अयम्. अतः जुहोत्यादिभ्यः श्लुः सूत्रेण शपः श्लु भवति. अपि च श्लौ इति सूत्रेण द्वित्वकार्यं भवति. तेन दादा योगः अत् इति रूपं तत्र सिध्यति. किन्तु तत्र अन्यानि कार्याणि भवन्ति. यथा महोदयेन उक्तं ह्रस्वः इति एकं सूत्रमस्ति. अभ्यासस्य ह्रस्वत्वं भवति. अभ्यासः नाम किम् इति प्रश्ने सति पूर्वाभ्यासः इति एकं सूत्रमस्ति. द्वित्वकार्यानन्तरं पूर्वभागस्य नाम अभ्यासः. द्वित्वकार्यानन्तरं यः पूर्वभागः लभ्यते तस्य अभ्याससंज्ञा दीयते. अत्र प्रथमदा इत्यस्य अभ्याससंज्ञा भवति. अपि च द्वित्वकार्यानन्तरं द्वयोः भागयोः मिलित्वा उभे अभ्यस्तम् इति सूत्रेण अभ्यस्तसंज्ञा दीयते. दादा द्वयोः मिलित्वा अभ्यस्तसंज्ञा भवति. अभ्याससंज्ञाम् आश्रित्य कानिचन कार्याणि, अभ्यस्तसंज्ञाम् आश्रित्य अन्यानि कार्याणि भवन्ति. अत्र अभ्याससंज्ञाम् आश्रित्य ह्रस्वः इति सूत्रेण अभ्यासस्य ह्रस्वत्वं भवति. अतः प्रथमदा इत्यस्य रूपं ह्रस्वरूपं भवति. द भवति. ददा योगः अत् इति अस्ति तत्र. तस्मात् परं यथा भगिन्या उक्तं श्नाभ्यस्तयोरातः इति एकं सूत्रमस्ति. अभ्यस्तसंज्ञा अहम् उक्तवती खलु, अभ्यस्तसंज्ञाम् आश्रित्य अन्यानि कार्याणि भवन्ति. अत्र दादा द्वयोः मिलित्वा अभ्यस्तसंज्ञा अस्ति खलु. अतः तत्र श्नाभ्यस्तयोरातः इति सूत्रेण अत्र सार्वधातुकनित्प्रत्यये परे अभ्यस्तस्य आकारस्य लोपः. पुनः वदामि, श्नाभ्यस्तयोरातः तत्सूत्रं कार्यं कर्तुं निमित्तानि कानि इति प्रश्ने सति अत्र किं रूपमस्ति? ददा इति रूपमस्ति. ददायोगः अत् इति रूपमस्ति. अत् इति प्रत्ययः कीदृशप्रत्ययः? सार्वधातुक अपित् प्रत्ययः. शत्रुप्रत्ययः सार्वधातुक अपित् प्रत्ययः. अतः सार्वधातुक अपित् प्रत्ययः सार्वधातुकम् अपित् इति सूत्रेण नित्वत् प्रवर्तते. नित्वत् प्रवर्तते चेत् किं भवति? अत्र श्नाभ्यस्तयोरातः इति सूत्रं कार्यं कर्तुम् अभ्यस्तसंज्ञक अङ्गात् परं सार्वधातुक अपित् प्रत्ययः स्यात् अथवा सार्वधातुकनित् प्रत्ययः स्यात्. सत्रप्रत्ययः तादृशः एव खलु, सार्वधातुक अपित्, सार्वधातुक अपित् अथवा सार्वधातुकनित् प्रत्ययः शत्रुप्रत्ययः. अतः निमित्तानि पूरितानि भवन्ति. अतः अभ्यस्तस्य आकारलोपः भवति. ह्रस्वः इति सूत्रेण पूर्वदकारस्य ह्रस्वत्वम्. उत्तरदा इति रूपमस्ति खलु, तत्र आकारस्य लोपः स्नाभ्यस्तयोरातः इति सूत्रेण भवति. तत्र निमित्तमस्ति सार्वधातुकनित्यप्रत्ययः. सार्वधातुकनित्यप्रत्ययः इत्युक्ते सार्वधातुक अपित् प्रत्ययः. शत्रुप्रत्ययः स एव. अतः तत्र आकारस्य लोपः भवति. तेन दद् योगः अत् इति रूपं भवति. वर्णमेलनेन ददत् इति प्रातिपदिकमस्ति. ददत् इति प्रातिपदिकं पुंलिङ्गे नपुंसकलिङ्गे, स्त्रीलिङ्गे ददति इति एव. इत्युक्ते तत्र स्त्रीप्रत्ययस्य योजनेन स्त्रीलिङ्गप्रातिपदिकं सिध्यति. ददति इति प्रातिपदिकं स्त्रीलिङ्गे अस्ति. अपि च ददत् इति रूपम् आवरणे यदस्ति तत्तु प्रथमाविभक्ति पुंलिङ्ग एकवचनरूपं ददत्. पश्यन्तु, अत्र ददन् इति न लिखितमस्ति, ददत् एव लिखितमस्ति. किमर्थम् इति प्रश्ने सति तत्र नाभ्यस्ताच्छतुः इति सूत्रम् आगत्य कार्यं करोति. अभ्यस्तसंज्ञा अस्ति खलु, अत्र अभ्यासकार्यं भवति खलु, द्वित्वकार्यं भवति खलु. अत्र अभ्यस्तसंज्ञकात् शत्रुप्रत्ययस्य नुमागमः न भवति. जुहोत्यादिगणे अभ्यासकार्यम् अस्ति इति कारणतः, द्वित्वकार्यम् अस्ति इति कारणतः जुहोत्यादिगणीयधातुषु शत्रन्तरूपाणि परिशीलयामश्चेत् तत्र पुंलिङ्ग प्रथमाविभक्ति एकवचनरूपे नुमागमः न दृश्यते, किन्तु अन्येषु सर्वेषु गणेषु पुंलिङ्ग शत्रन्त प्रथमाविभक्ति एकवचनरूपे सर्वत्र नुमागमः अस्ति. पश्यन्तु, अत्र करपत्रं पश्यामश्चेत् अवगन्तुं शक्नुमः. अयमेव एकः एव गणः, अस्मिन् गणे एव पुंलिङ्गसत्रन्त प्रथमाविभक्ति एकवचनरूपे नुमागमः न दृश्यते इति वार्ता अस्ति. नाभ्यस्ताच्छतुः सूत्रेण तत्कार्यं भवति. तत्सूत्रं निषेधकसूत्रं, नुमागमनिषेधकसूत्रं. शप् शनोर्नित्यम् आचीर्णद्योर्नुम् एतत् सूत्रद्वयं विधायकसूत्रं, नुमागमविधायकसूत्रं स्त्रीलिङ्गरूपेषु. किन्तु इदं सूत्रं पुंलिङ्गरूपाणां प्रसङ्गे नुमागमनिषेधकसूत्रमस्ति. शत्रन्तरूपसिद्धिः इति अन्यत् करपत्रमस्ति, तत्र इतोपि स्पष्टतया वयम् अवगन्तुं शक्नुमः. अतः चिन्ता मास्तु. ददत् इति रूपं पुंलिङ्गे आवरणे अस्ति, एतत् रूपं स्मर्तव्यमस्ति. अपि च ददाति, दत्तः, ददति, लटिरूपाणि सन्ति खलु, लटिरूपाणि ददाति, दत्तः, ददति. ददति इति कथनेन लट्लकार प्रथमपुरुष बहुवचनरूपं पश्यामश्चेत् ददति इति रूपम् अस्ति. तत्रापि ईदृशानि कार्याणि एव भवन्ति यद्वयं चर्चितवन्तः. तत्र श्लौ इति सूत्रेण द्वित्वं भवति, ह्रस्वः इति सूत्रेण अभ्यासस्य ह्रस्वत्वं भवति, पश्चात् श्नाभ्यस्तयोरातः इति सूत्रेण अभ्यस्तसंज्ञक आकारस्य लोपः भवति सार्वधातुक अपित् प्रत्यये परे. तत्र अपित् प्रत्ययः कः? लट्लकार प्रथमपुरुष बहुवचनरूपप्रसङ्गे अत् आदेशः भवति. तत्रापि चिन्तनमस्ति, इतोपि सिद्धप्रत्ययाः प्रत्येकस्मिन् गणे भिन्नाः भवन्ति इति स्मर्तव्यः अंशः. मूलतिङ्प्रत्ययाः भिन्नाः, प्रत्येकस्मिन् गणे सिद्धप्रत्ययाः भिन्नाः, जुहोत्यादिगणे सिद्धप्रत्ययाः भिन्नाः भवन्ति. जुहोत्यादिगणे तत्र अत् आदेशः भवति. अत्र अति इति प्रत्ययः आयाति, साधारणतया अन्ति आयाति सिद्धप्रत्ययः. भुवादिगणे अन्ति इति सिद्धप्रत्ययः, प्रथमपुरुष बहुवचन सिद्धप्रत्ययः अन्ति अस्ति. अतः एव पठन्ति, खादन्ति, गच्छन्ति, कुर्वन्ति एवं वदामः. किन्तु जुहोत्यादिगणे प्रथमपुरुष बहुवचन लट्लकार सिद्धप्रत्ययः अति अस्ति. अति अस्ति, तत्र सिद्धप्रत्ययः भिन्नः. तदर्थमेव तत्र प्रथमपुरुष लट्लकार बहुवचनरूपं ददति भवति. ददति रूपसाधनवेलायां यादृशं चिन्तनं कुर्मः तादृशं चिन्तनमेव अत्र शत्रन्तरूपसिद्धौ अपि भवति. अतः एव अत्र प्रातिपदिकं ददत्, किन्तु प्रथमपुरुष लट्लकार बहुवचनरूपं ददति. तत्र विशिष्टं रूपं खलु, ददाति, दत्तः, ददति, एवं रूपाणि भवन्ति. अत्र अभ्यस्तसंज्ञक आकारस्य लोपः भवति इति वयं ज्ञातवन्तः खलु. सूत्रं स्नाभ्यस्तयोरातः इति सूत्रं पुनः एकवारं क्रियादिगणे आयाति. क्रियादिगणस्य प्रसङ्गे क्रीधातुः अस्ति, क्रीणन् इति रूपं सिद्ध्यति. क्रीणत् इति प्रातिपदिकं, शत्रन्तप्रातिपदिकं क्रीणत् सिद्ध्यति. क्रीणत् अथवा क्रीणन्ति इत्यादीनां रूपाणां साधनवेलायां श्नाभ्यस्तयोरातः सूत्रं पुनः तत्र आयस्यति. तत्र श्नाविकरणप्रत्ययान्तम् अङ्गमस्ति क्रयादिगणे, अतः तत्रापि तत्सूत्रम् आयाति. कोऽपि वक्तुमिच्छति वा, नाभ्यस्ताच्छतुः इति लिखितम् अस्ति, तत्र सन्धिकार्याणि ज्ञातव्यानि. न अभ्यस्तात् शतुः, अभ्यस्तात् शतुः, तत्र सन्धिकार्याणि सन्ति. बहूनि कार्याणि सन्ति.
सवर्णदीर्घसन्धि
न अभ्यस्तात्, तत्र सवर्णदीर्घसन्धिः. अभ्यस्तात् इति पञ्चम्यन्तम्, अभ्यस्तात् शतुः इति अस्ति. प्रथमशब्दस्य अन्तिमवर्णः तकारः, उत्तरपदस्य आदिमवर्णः शकारः, तत्र सन्धिकार्याणि ज्ञातव्यानि. कोऽपि वक्तुमिच्छति वा? सुहृत् सेते इति रूपं मम पुरतः अस्ति. सुहृत् शेते इति रूपम् अस्ति. तत्र यादृशानि कार्याणि भवन्ति तादृशानि कार्याणि एव अत्रापि भवन्ति इति मम चिन्तनमस्ति. तत्र बहूनि कार्याणि सन्ति इति मम अवगमनं महोदय. तत्र तकारस्य स्थाने प्रथमतया झलां झषोन्ते इति सूत्रेण दकारादेशः भवति. तत्र अभ्यस्तात् इत्यत्र तकारस्य स्थाने दकारः, पश्चात् स्तोहश्चुनाश्चुः इति सूत्रेण दकारस्य स्थाने जकारः, पश्चात् खरिच सूत्रेण जकारस्य स्थाने चकारः, अन्ततो गत्वा शश्छोटी इति सूत्रेण तालव्यशकारस्य स्थाने छकारः आयाति इति कृत्वा अभ्यस्ताच्छतुः इति रूपं सिद्ध्यति. कक्षायाः अनन्तरम् अहं प्रेषयामि कथं भवति इति. तत्र सन्धिकार्याणि सन्ति, अन्ततो गत्वा छत्वं भवति, छकारादेशः भवति. अत्र उत्तरपदस्य आदिमवर्णः तालव्यशकारः खलु, तालव्यशकारस्य स्थाने छकारादेशः भवति. सश्छोटी इति सूत्रमस्ति. सुहृच्छेते, सुहृत् योगः शेते इत्यत्र सुहृच्छेते इति रूपं भवति. एवमेव अत्रापि चिन्तनं करणीयम् इति मम अवगमनम्. वाक् शुद्धिः इति कथनेन वाक्शुद्धिः इति वदामः खलु, तथा अत्रापि चिन्तनं भवति. श्नाभ्यस्तयोरातः, अत्र आतः इत्युक्ते आतः लोपः इति अर्थः, आकारस्य लोपः. श्नाभ्यस्तयोरातः, तयोः आतः लोपः इति अर्थः. लोपः इति पदं पूर्वसूत्रात् अनुवृत्तं भवति. अपि च अत्र अभ्यस्तसंज्ञक अङ्गस्य आकारस्य लोपः भवति सार्वधातुक कित्नित् प्रत्यये परे. श्नाभ्यस्तयोरातः इति सूत्रं कार्यं कर्तुम् अभ्यस्तसंज्ञक अङ्गं स्यात्, नित् प्रत्ययः परे स्यात्. अत्र सार्वधातुक नित् प्रत्ययः शत्रुप्रत्ययः, सार्वधातुक अपित्, सार्वधातुक अपित् प्रत्ययः नित्वत् प्रवर्तते सार्वधातुकम् अपित् सूत्रेण. अतः श्नाभ्यस्तयोरातः सूत्रं कार्यं कर्तुं सर्वाणि निमित्तानि पूरितानि. अतः अभ्यस्तसंज्ञक आकारस्य लोपः भवति. उक्तवती खलु ददत् रूपसाधनवेलायाम् इत्युक्ते शत्रन्तप्रातिपदिकनिर्माणे यादृशानि कार्याणि भवन्ति तादृशानि कार्याणि एव प्रथमपुरुष लट्लकार बहुवचनरूपसाधनवेलायाम् अपि भवन्ति इति स्मर्तव्यम्. अग्रे दिवादिगणस्य प्रसङ्गे सत्यभामा भगिनी भवती वदतु.
दिवादौ नश् धातुः परस्मैपदी शत्रुन्तप्रत्ययः शत्र इति अस्ति. अत्र अनुबन्धलोपानन्तरम् अत् अवशिष्यते. नश् योगः अत् न अत्र कर्तरिश प्रथमं पठामि तदनन्तरं वदामि. कर्तरि शप् इत्यनेन अत्र नश् योगः शप् योगः अत् दिवादिभ्यः शन् इत्यनेन शपं प्रभात्य शन्. नश् योगः शन् योगः अत् अनुबन्धलोपे नश् योगः या योगः अत् योगः नश् नश्यत् वदामि. नश् इति धातुः अस्ति, शत्रुप्रत्ययः अस्ति. नश् योगः अत् इति अस्ति. इदानीं सार्वधातुकप्रत्ययः कर्त्रर्थे अस्ति इति कारणात् कर्तरि शप् इति विकरणप्रत्ययः मध्ये आगच्छति. अतः शत्रुयोगः दिवादिगणीयधातुः अस्ति इति कारणात् शपं प्रभात्य दिवादिभ्यः शन् इत्यनेन शन् प्रत्ययः मध्ये आगच्छति. अत्रापि अनुबन्धलोपानन्तरं यकारः एव अवशिष्यते, या इति वर्णः अवशिष्यते. नश् योगः या योगः अत् इति अस्ति. यकारोत्तरवर्ति अकारः अस्ति, अपि च अत् इत्यत्रापि अकारः अस्ति इति कारणात् अत्र पूर्वपरयोः पररूपम् अकारः वर्तते आगच्छति अधोगुण इति सूत्रेण. ह्रस्वकारात् अनन्तरं गुणसंज्ञकः वर्णः अस्ति चेत् पररूपम् एकादेशः भवति पूर्वपरयोः स्थाने अनेन सूत्रेण. अतः नश् योगः नश्य योगः अत् इति नश्यत् इति भवति. प्रथमपुरुष एकवचनरूपं नश्यन् इति
प्रथमा
उच्यम्यता. प्रथमा
विभक्ति
विभक्ति प्रातिपदिकमस्ति. प्रथमा विभक्ति एकवचनरूपं नश्यन् इति अस्ति. अत्र शन् शनोर् नित्यम् इति सूत्रमस्ति.
शप् शनोर् नित्यं
शप् शनोर् नित्यम् इत्यनेन नुमागमः भवति. नश्यन् इति प्रथमा विभक्ति पुल्लिङ्ग एकवचनरूपं, नश्यन्ति इति स्त्रीलिङ्ग एकवचनरूपम्.
कर्तरि शप् सूत्रं कार्यं कर्तुं निमित्तानि कानि?
कर्तरि शप् कार्यं कर्तुम् अत्र सार्वधातुकप्रत्ययः अस्ति, अपि च
कर्त्रर्थकः
कर्त्रर्थकः अस्ति.
शत्रुप्रत्ययः कर्त्रर्थकः सार्वधातुकः
सार्वधातुकः,
अतः कर्तृशप् आगन्तुं शक्नोति. दिवादिभ्यः शन् सूत्रं कार्यं कर्तुं निमित्तं किम्?
दिवादिगणीयधातुः अस्ति, अपि च कर्त्रर्थे अस्ति, तदेव
धातुः दिवादिगणे अस्ति इति एव कारणं.
तदेव कारणं.
यदा कर्तृशप् आयाति तदा धातुः कस्मिन् गणे अस्ति इति अवश्यं द्रष्टव्यं. धातुः दिवादिगणे अस्ति इति कारणतः दिवादिभ्यः श्यन् सूत्रम् आगच्छति. तेन शपं प्रबाध्य श्यन् विकरणप्रत्ययः आयाति. इदं सूत्रम् अपवादसूत्रम्. अपवादसूत्रेण श्यन् विकरणप्रत्ययः आयाति. श्यन् विकरणप्रत्यये अनुबन्धलोपं करोतु.
शन् इति विकरणप्रत्ययः शकारलशकृतृतीये इति सूत्रेण शकारः संज्ञा भूत्वा तस्य लोपः इत्यनेन लोपः भवति. अन्तिमनकारस्य हलन्त्यम् इति सूत्रेण संज्ञा भूत्वा तस्यापि लोपः भवति. श इति अवशिष्य या इति अवशिष्यते.
या इति कथनेन यकारः अकारः च खलु.
तद् अधिकृत्वा एव अत्र अधौ गुणे सूत्रस्य प्रसक्तिः अस्ति.
अतो गुणे सूत्रं कार्यं कर्तुं निमित्तानि कानि?
अतो गुणे ह्रस्वकारात् परे
केवलं ह्रस्वकारः वा इतोपि अस्ति वा?
अपदान्तः ह्रस्वकारः इति अस्ति.
अपदान्तह्रस्वकारः अस्ति. अत्र अपदं किम्?
अपदम् अस्ति नश्य इति.
नश्य इति अपदम्. अपदम् इति कथनेन पदं नास्ति. एतावत्पर्यन्तं तस्य पदसंज्ञा न दीयते. इत्युक्ते तस्य अन्ते सुप्रत्ययः नास्ति, क्तिङ् प्रत्ययः नास्ति, इत्यतः तस्य पदसंज्ञा नास्ति. अतः अपदं नश्य इत्यत्र अन्ते यः अकारः अस्ति सः अकारः ह्रस्वकारः, अपि च अपदान्तह्रस्व अकारः. अतो गुणे इत्यत्र अतः नाम किम्?
ह्रस्वकारः
अतः इत्युक्ते
पञ्चम्यन्तम् इति निमित्तं.
पञ्चम्यन्तं सूत्रे पञ्चम्यन्तं पदमस्ति चेत् किं भवति?
परकार्यं भवति, पूर्वनिमित्तमस्ति.
गुणे शब्दस्य विभक्तिः का?
सप्तमी विभक्तिः अस्ति.
सूत्रे सप्तम्यन्तं पदमस्ति चेत् किं भवति?
सप्तमी अन्तपदम् अपि निमित्तमेव सूचयति.
पूर्वकार्यं भवति.
पूर्वकार्यं भवति.
उत्तमम्. अत्र अतो गुणे इत्यत्र अतः इति पञ्चम्यन्तमस्ति. अतः इत्यत्र तपरकरणं कृतमस्ति. तपरकरणम् इत्यनेन किं? तपरस्तत्कालस्य किं वद?
तपरस्तत्कालस्य केवलम् अस्मिन् कालम् एव बोधयति. इत्युक्ते ह्रस्वकारः उच्चारणकालम् एव बोधयति अकारः.
ह्रस्वकारस्य एव ग्रहणं, तस्य कालस्य एव ग्रहणं भवतु इति अर्थः खलु? उत्तमम्. अपदान्तह्रस्व अकारः अस्ति नश्य इत्यत्र. तस्मात् परं गुणसंज्ञकवर्णः अकारः अस्ति. अतः पूर्वपरयोः स्थाने पररूपम् एकादेशः भवति. नश्य योगः अतित्रूपं वर्णमेलनेन नश्यत् इति प्रातिपदिकं. पुंलिङ्ग शत्रन्त प्रथमाविभक्ति एकवचने नश्यन् इति रूपमस्ति. पश्यन्तु अत्रापि नुमागमः अस्ति पुंलिङ्गरूपे. केवलं जुहोत्यादिगणे एव पुंलिङ्गशत्रन्तप्रथमाविभक्ति एकवचने नुमागमः नास्ति. नाभ्यस्ताच्छतुः सूत्रेण तत्र नास्ति, किन्तु अत्र पुंलिङ्गे अस्ति. अपि च स्त्रीलिङ्गशत्रन्तप्रातिपदिकं नश्यन्ती, प्रातिपदिकं नश्यन्ती एव इत्युक्ते प्रातिपदिके एव नुमागमः अस्ति. प्रातिपदिके एव नकारः अस्ति चेदेव सप्तसु विभक्तिषु सर्वेषु रूपेषु नुमागमसहितं रूपं श्रोतुं शक्नुमः. नश्यन्ती, नश्यन्त्यौ, नश्यन्त्यः एवं रूपाणि वक्तव्यानि भवन्ति. दिवादिगणे स्त्रीलिङ्गसत्रन्तरूपेषु नुमागमः शप् श्यनोर्नित्यम् इति सूत्रेण भवति. विकरणप्रत्ययान्तम् अङ्गमस्ति, अतः शप् श्यनोर्नित्यम् इति सूत्रेण नश्यन्ती इति रूपं सिद्ध्यति. नाभ्यस्ताच्छतुः इति निषेधकसूत्रं, नुमागमनिषेधकसूत्रम्,
अपवादसूत्रं नास्ति,
निषेधकसूत्रम्. आदौ एव न इति लिखितं खलु, न अभ्यस्तात् शतुः इति लिखितम्.
अपवादः वा इति मम प्रश्नः.
तत् सूत्रं जुहोत्यादिगणीयधातूनां प्रसङ्गे एव कार्यं करोति. जुहोत्यादिगणीयधातुषु शत्रन्तरूपेषु अभ्यस्तसंज्ञकशत्रन्तरूपेषु नुमागमः निषिध्यते तेन सूत्रेण. अस्तु, अग्रे सरेम. इदानीं सुजाता भगिनी, अग्रे किमस्ति वदतु.
अस्तु, स्वर सुवादौ आप् प्रत्ययः अस्ति, अत् शत्रन्त अवशिष्यवर्णः अस्ति. कर्तरी शप् इत्यनेन शप् आयाति. सुवादौ गणे विकरणप्रत्ययः अस्ति. स्नु अस्ति. स्वादिभ्यः स्नु इत्यनेन शपं प्रवाद्य नु स्नु इत्यनेन शकारस्य संज्ञा भवति. नु एव अवशिष्यते. अनुबन्धलोपे सति आप् योगः नु योगः अत् भवति. आप् नु इति अङ्गम् अस्ति. अत् शत्रन्तप्रत्ययस्य
अवशिष्टभागः
अस्ति. तत्र गुणः भवति नुकारस्य, उकारस्य ओकारः भवति.
उकारस्य ओकारः कदा भवति? आप्नोति इत्यत्र भवति, किन्तु अत्र आप्नोति नास्ति.
अत्र अत् प्रत्ययः अस्ति इत्यनेन आप्नुवत् भवति. चित्रन्तप्रत्ययः अस्ति इत्यनेन आप्नुवत् भवति. आप्नुवन् इति पुल्लिङ्ग एकवचनविभक्तिप्रत्ययः अस्ति. आप्नुवति स्त्रीलिङ्गप्रत्ययः, स्त्रीलिङ्ग एकवचन स्त्रीलिङ्ग.
आवरणे यद्रूपं दत्तमस्ति तत्तु प्रथमाविभक्ति शत्रन्तपुंलिङ्गरूपं, प्रथमाविभक्ति शत्रन्तस्त्रीलिङ्गरूपं दत्तमस्ति. आप्नुवत् इति प्रातिपदिकम् अस्ति, किन्तु स्त्रीलिङ्गे प्रातिपदिकमपि आप्नुवति एव. इतोपि वदतु.
आप्नुवत् प्रातिपदिकम् अस्ति. पुंलिङ्ग एकवचनरूपमस्ति आप्नुवन्. स्त्रीलिङ्गरूपं भवति आप्नुवति.
नरसिंहहेग्डेमहोदय, भवान् वदतु. अत्र इतोपि किञ्चित् वैशिष्ट्यमस्ति आप्नुवत् इति रूपसाधनवेलायाम्. इतोपि किञ्चित् चिन्तनम् अस्ति. पूर्वम् उक्तवती खलु, आप्नोति, आप्नुतः, आप्नुवन्ति. आप्नुवन्ति इति लट्लकारप्रथमपुरुष बहुवचनरूपम् अस्ति. लट्लकारप्रथमपुरुष बहुवचनरूपम् आप्नुवन्ति. आप्नुवन्ति इति रूपसाधनवेलायां यादृशानि कार्याणि भवन्ति तादृशानि कार्याणि अत्रापि भवन्ति. अत्र आप्नुवत् इति प्रातिपदिकं कथं सिद्ध्यति महोदय, वदतु.
अत्र आप्नुयोगात् तत्र अचिष्णुधातुभ्रमयोर्योङ्गवङ्गौ इति सूत्रं कार्यं करोति महोदय. उकारस्य स्थाने उवङ्गादेशः भवति.
उत्तमम्. इतोपि वदतु. अचिष्णुधातु भ्रुवाम् इयङ् उवङ्गौ इति उक्तमस्ति. अचि इति कथनेन,
अचि इति कथनेन तत्र निमित्तं अचि परे
अचि इति कथनेन अजादिप्रत्यये परे
परे आम्
अत्र अजादिप्रत्ययः कः
अत्र अत्
अत् एव अजादिप्रत्ययः प्रथमपुरुषलट्लकार बहुवचनरूपे तत्र प्रत्ययः कः तदपि अजादिप्रत्ययः एव अचि इति कथनेन अजादिप्रत्यये परे एव किं भवति
तत्र किष्णु धातु ब्रुवां ब्रू प्रातिपदिकस्य स्णु प्रत्ययान्ते अङ्गस्य अनन्तरं अचिष्णु धातु धातुवङ्गस्य स्णु प्रातिपदिकाङ्गस्य अनन्तरं ब्रू प्रातिपदिकस्य ऊ स्थाने उवङ्गादेश ई स्थाने इयङादेशः भवति अचिष्णु धातु ब्रुवां योरुङ्गौ इति सूत्रेण
अत्र महोदय आप् योगः श्नु इति रूपम् अस्ति आप् योगः श्नु इत्यत्र अनुबन्धलोपे सति आप्नु इति रूपं सिद्ध्यति आप्नु इति कीदृशम् अङ्गं शत्रुप्रत्ययस्य कृते इगन्तम् अङ्गम् एकवारं वदामि अत्र आप् योगः श्नु इति स्थितिः अस्ति श्नु इत्यत्र अनुबन्धलोपं कुर्मः चेत् नु अवशिष्यते आप् योगः नु वर्णमेलनेन आप्नु इति अङ्गं भवति शत्रुप्रत्ययस्य कृते इत्युक्ते आप्नु इति इगन्तम् अङ्गम् अस्ति उकारान्तम् अङ्गम् अस्ति उकारः इक् प्रत्याहारे अस्ति इगन्तम् अङ्गम् अस्ति आप्नु इति तस्मात् परम् अत् इति सार्वधातुकप्रत्ययः अस्ति षित् प्रत्ययः अस्ति सार्वधातुकप्रत्ययः अस्ति चेत् सार्वधातुक अर्धधातुकयोः इत्यनेन गुणस्य प्रसक्तिः अस्ति वा
तत्र अस्ति तत् प्रबाद्य आयाति अजिष्णुधातु
उत्तमम् इत्युक्ते तत्र सार्वधातुक अर्धधातुकयोः सूत्रस्य कृते गुणकार्यं भवितुं तत्र निमित्तम् अस्ति सार्वधातुक अर्धधातुकयोः सूत्रं सार्वधातुकप्रत्यये परे आर्धधातुकप्रत्यये परे कार्यं करोति अत्र सार्वधातुकप्रत्ययः शत्रुप्रत्ययः शत्रुप्रत्ययः सार्वधातुकः अपि च अङ्गम् ईगन्तम् अङ्गम् अतः तस्य प्रसक्तिः अस्ति किन्तु प्राप्तिः नास्ति अपि च इकोयणचि सूत्रस्य कार्यं भवति वा
इकोयणचि इत्यत्र तत्र तदपि न भवति
न भवति उत्तमम् इको एणचि इत्युक्ते यण् सन्धिकार्यमपि प्रबाध्य
वर्णात् अङ्गं बलीयति वर्णकार्यस्य अपेक्षया अङ्गकार्यं तत् बलीयमस्ति
अङ्गकार्यं बलवत् भवति बलीयः बलवत् इति मतु प्रत्ययान्तशब्दः बलीयः इति इयसुन् प्रत्ययान्तशब्दः खलु अत्र सार्वधातुकार्धधातुकयोः सूत्रस्य प्रसक्तिः अस्ति किन्तु प्राप्तिः नास्ति इको एणचि सूत्रस्य प्रसक्तिः अस्ति किन्तु प्राप्तिः नास्ति इदं सूत्रद्वयं प्रबाध्य अचिष्णुधातुभ्रुवाम् इति सूत्रेण वङ् आदेशः भवति अचि इति कथनेन अजादिप्रत्यये परे इति अर्थः अस्ति अत्र अजादिप्रत्ययः शत्रुप्रत्ययः शत्रुप्रत्ययस्य अनुबन्धरूपे सति अत् खलु अस्ति अजादिप्रत्यये परे ऊ स्थाने उवङ् आदेशः भवति उवङ् इति कथनेन तत्र ञकारः अस्ति ञकारः इत् संज्ञकः अकारः उच्चारणार्थः अतः उव् ऊ स्थाने उव् आदेशः भवति आप्नु योगः अत् इति स्थितिः अस्ति खलु आप्नु इत्यत्र यः अन्तिम उकारः अस्ति तस्य उकारस्य स्थाने उव् आदेशः भवति तेन वर्णमेलनेन आप्नुव् इति भवति पश्चात् अत् योजनेन आप्नुवत् इति रूपं सिद्ध्यति शत्रन्तप्रातिपदिकम् आप्नुवत् प्रथमाविभक्ति पुंलिङ्ग एकवचनरूपम् आप्नुवन् इति भवति नुमागमः अस्ति पुंलिङ्गे किन्तु स्त्रीलिङ्गे आप्नुवती स्त्रीलिङ्गशत्रन्तप्रातिपदिके नुमागमः नास्ति किमर्थं चेत् अहं पूर्वम् उक्तवती शप्श्यनोर्नित्यं सूत्रेण स्त्रीलिङ्गरूपेषु नुमागमः भवति आच्छीनद्योर्नुं सूत्रेणापि नुमागमः भवति किन्तु तुदादिगणे तत्सूत्रद्वयम् अत्र कार्यं न करोति अतः स्त्रीलिङ्गे नुमागमः नास्ति अतः आप्नुवती इति एव रूपं भवति प्रथमपुरुष बहुवचन लट्लकाररूपम् आप्नुवन्ति रूपसाधनवेलायाम् अपि ईदृशानि कार्याणि एव भवन्ति अतः एव तत्र आप्नुवन्ति इति रूपम् आयाति वकारः कुतः आगतः इति प्रश्नः उदेति सः वकारः अचिष्णुधातुभ्रुवां सूत्रेण उवङ् आदेशः भवति चेदेव आयाति तत् सूत्रं कार्यं कर्तुम् अजादिप्रत्ययः परः अस्ति चेदेव भवति. श्नु इति विकरणप्रत्ययान्तम् अङ्गं स्यात्. श्नु विकरणप्रत्ययान्तम् अङ्गं स्वादिगणि एव भवति खलु. स्वादिभ्यः श्नुः सूत्रेण श्नु विकरणप्रत्ययान्तम् अङ्गं स्वादिगणे भवति. अतः अचिष्णुधातुभ्रुवां युवोरियङ्गुवङ्गौ सूत्रं कार्यं कर्तुं तस्मिन् सूत्रे इतोपि बहवः विषयाः सन्ति. तेषां प्रसङ्गे अधुना चिन्ता मास्तु. श्नुप्रत्ययान्तम् अङ्गमस्ति चेत् वदतु.
एकम् अन्यत् बिन्दुः अस्ति, यदा तत्र श्नु इति अङ्गस्य कृते तत्र अजादिप्रत्ययपरे कुत्रचित् उवङ्ग् इति आदेशः भवति, कुत्रचित् तत्र यन् आदेशः भवति. सो तत्र असंयोगपूर्वम् अस्ति श्नु इति अङ्गस्य असंयोगपूर्वम् अस्ति चेत् असंयोग अस्ति चेत् तत्र यन् आदेशः, संयोगपूर्वम् अस्ति चेत् तत्र उवङ्ग् इति आदेशः. यथा अत्र अस्ति आप्नु इति संयोग, नु इति अङ्गं पकारः हल् अस्ति, तत्र आप्नु इति संयोग असंयोग नास्ति, अतः तत्र यनादेशः न भवति, परन्तु तत्र उवङ्ग् इति आदेशः. सो तत्र हुष्णुवोः सार्वधातुके इति सूत्रम् अपि तत्र श्नु अङ्गस्य कृते तत्र आवश्यकं, तत्र तदपि पठनीयं.
तस्मिन् प्रसङ्गे एकम् उदाहरणं वदतु भगिनि. हुष्णुवोः सार्वधातुके
इदानीं तत्र हल् धातु नास्ति चेत् तत्र कोऽपि अजादि अजन्तङ्गम् अस्ति अथवा अच्वर्णः अस्ति चेत् तदेव तत्र यन् आदेशः भवति. इदानीं मम
चिन्ता मास्तु, किन्तु तत् सूत्रमपि आयास्यति. स्वादिगणस्य प्रसङ्गे इतोपि स्पष्टतया पठिष्यामः, चिन्ता मास्तु. इदानीम् आप्नुवत् इति प्रातिपदिकं साधयितुम् इदं सूत्रम् आवश्यकम्. अचिष्णुधातुभ्रुवां युवोरियङ्गुवङ्गौ आप्नुवन्ति लट्लकार प्रथमपुरुष बहुवचनरूपम् अस्ति. अस्तु, अग्रे तुदादिगणे कीदृशानि कार्याणि भवन्ति, भवती एव पठतु सुजाता भगिनी.
तुदादौ लिक् धातुः अस्ति, अत् शत्रुप्रत्ययस्य अवशिष्य भागमस्ति. कर्तरि शप् विधीयते, कर्तृत्वे लिक् योगः शप् योगः अत् भवति. तुदादिभ्यः शः इत्यनेन शपं प्रपाच्य शप्रत्ययः आयाति, शपं प्रपाच्य श आयाति, शः आयाति.
भगिनी, श एव आयाति, शः इति प्रथमान्तं पदम्.
आं क्षम्यतां भगिनि, श एव आयाति. इत्यनेन श लिक् योगः श योगः अत् भवति. अनुबन्धलोके सति लिक् योगः आयोगः अत् भवति. अतोगुणि इत्यनेन लिखत् इति भवति. वर्णमेलनेन लिक् योगः अत् भवति, वर्णमेलने लिखत् भवति. लिखत् इति प्रातिपदिकम् अस्ति. लिखन् प्रथमाविभक्ति पुल्लिङ्ग एकवचनं लिखन् भवति. लिखन्ति स्त्रीलिङ्ग प्रथमाविभक्ति स्त्रीलिङ्ग भवति लिखन्ति.
उत्तमं. धातुः तुदादिगणे अस्ति. लिख् धातुः लघु इगुपधधातुः, उपधायां ह्रस्व इकारः अस्ति. धातोः परं कर्तरर्धकसार्वधातुकशत्रुप्रत्ययः अस्ति, अतः कर्तरिषप् आगन्तुं शक्नोति. धातुः तुदादिगणे अस्ति इति कारणतः तुदादिभ्यः शः सूत्रेण शप् विकरणप्रत्ययं प्रबाध्य शाविकरणप्रत्ययः आयाति. शाविकरणप्रत्ययस्य कृते लिख् इति धातुः एव अङ्गं भवति. भगिनी, किमर्थं लिख् इत्यस्य रूपं लेख् न भवति? किमर्थं लेखत् इति प्रातिपदिकं न सिध्यति?
तत्र श एव अस्ति, अपित् अस्ति, अपित् अस्ति इत्यनेन उपधायां हस्व इकारः अस्ति तद् गुणः न भवति.
लघु इगुपदम् अङ्गम् अस्ति चेदपि धातोः परं श इति विकरणप्रत्ययः गणविकरणप्रत्ययः अस्ति. श इति गणविकरणप्रत्यये शित्वम् अस्ति किन्तु पित्वं नास्ति इत्यतः श इति गणविकरणप्रत्ययं निमित्तीकृत्य लिख् इति धातुरूपी अङ्गे गुणकार्यं न भवति. लिख् यथावत् तिष्ठति तत्र अङ्गकार्यं नास्ति. अपित् प्रत्ययः अस्ति श इति अतः गुणकार्यं न भवति. अनुबन्धलोपे सति लिख् योगः अ योगः अत् इति रूपम् अस्ति. लिख इति अङ्गं भवति शत्रुप्रत्ययस्य कृते अङ्गं लिख. लिख इत्यस्य पदसंज्ञा नास्ति. लिख इति अपदम् एव अपदम् अपि च तत्र ह्रस्वाकारः अस्ति. अधोगुणे सूत्रस्य कृते निमित्तानि पूरितानि. लिख इत्यत्र अपदान्तह्रस्वाकारः अस्ति तस्मात् परम् अत् इति शत्रुप्रत्ययस्य अकारः गुणसंज्ञकवर्णः. अतः द्वयोः स्थाने एकः पूर्वपरयोः इति अधिकारसूत्रस्य परिधौ अस्ति इति कारणतः द्वयोः स्थाने पररूपम् एकादेशः भवति अतः लिखत्. किन्तु अत्र वैशिष्ट्यं किम्? अत्र न लिखितम् अस्ति. लिखन्ती रूपम् अस्ति, लिखति इति रूपम् अस्ति. बालिका लिखन्ती पठति, बालिका लिखती पठति, तत्र रूपद्वयम् अस्ति खलु? किमर्थम्
तुदादिगणे नुमागमः विकल् स्त्रीलिङ्गरूपे नुमागमः विकल्पेन भवति आच्छे नद्योर्नुम् इति सूत्रेण.
बहु सम्यक्. आच्छे नद्योर्नुम् इति विशिष्टसूत्रेण तुदादिगणे अयं धातुः तुदादिगणे अस्ति खलु, अतः तुदादिगणे विकल्पेन नुमागमः भवति. एकस्मिन् पक्षे नुमागमः, अन्यस्मिन् पक्षे नुमागमः नास्ति. नुमागमः भवति चेत् लिखन्ति, नुमागमः नास्ति चेत् लिखति रूपं भवति. एवमेव सर्वेषु तुदादिगणीयधातुषु रूपाणि एवमेव भवन्ति. शत्रन्तस्त्रीलिङ्गरूपेषु विकल्पेन नुमागमः भवति. विलति विलन्ति, चलति चलन्ति. चल् धातुः परिचितधातुः. चल् धातुः तुदादिगणीयः एव. चल् धातोः शत्रन्तस्त्रीलिङ्गरूपेषु नुमागमः विकल्पेन भवति. अतः चलति इति एकं रूपं, चलन्ति इति अन्यद् रूपम् अस्ति. एवमेव लिखति लिखन्ति इति रूपाणि भवन्ति. कारणम् आच्छीनद्योर्नुम् इति सूत्रं, नुमागमविधायकसूत्रं स्त्रीलिङ्गसत्रन्तरूपेषु तत् सूत्रं. लिखन्ति रूपसाधनवेलायाम् अपि एतादृशं चिन्तनमेव भवति. प्रक्रिया समाना एव. सार्वधातुकतिङन्तप्रक्रिया. लिख् धातुः परस्मैपदी धातुः, अतः शत्रन्तरूपमेव सिध्यति. शाणजन्तरूपं न सिध्यति खलु? अत्र कर्मणि शाणच् सिध्यति, किन्तु कर्मार्थकप्रत्ययः अस्ति चेत् गणचिन्तनं न भवति. लिख्यमानं तत्र ईदृशं चिन्तनं न भवति, तद्भिन्नं. कर्तार्धकसार्वधातुकप्रत्ययपरे इत्युक्ते कर्तार्धकशत्रुप्रत्ययपरे कर्तार्धकशाणच् प्रत्ययपरे एव प्रक्रियासाम्यं दृश्यते. लिखन्ति इत्यत्र अन्ति इति प्रत्ययं योजयामः. अन्ति इति प्रत्ययः अपि सार्वधातुकः अपित्, शत्रुप्रत्ययः अपि सार्वधातुकः अपित्, अतः प्रक्रियासाम्यं. रुधादिगणे किं भवति इति नरसिंहहेग्डे महोदय भवान् पठतु.
रुदादिगणे बिद् योग अत् कर्तरि शप् इत्यनेन बिद् योग शप् योगात् रुदादिभ्य शन् इत्यनेन शवं शपं प्रबाध्य शन् श्नं प्रत्ययः. बिद्योग श्नं योग अत् अनुबन्धलोपे बिद् योग न योग अत् बिन्द् योग अत् बिन्दत् बिन्दन् बिन्दति इति रुदादौ बिद् धातु कृते अस्ति अत्र उदाहरणं. बिद् योग अत् अतः पुनः सार्वधातुक इति कृत्वा ऋषप् सार्वधातुक इत्यनेन शप् आयाति. विद्योग शप् योगात् अत्र रुदादिभ्यश्नम् इति शपं प्रबाद्य आयाति श्नम् इति प्रत्ययः. विद्योग श्नम् योगात् श्नम् मध्ये तत्र मकारस्य अलन्त्यम् संज्ञा भवति, शकारस्य लशक्तुदिति संज्ञा भवति, न अवशिष्यते. बिद् योग न योग अत् अत्र एतत् स्वीकरणप्रत्ययस्य यत् नकारः अस्ति तत् मिलितवान् तात्परः इत्यनेन अन्तिम अचूर्णस्य परे स्थितं भवति, अतः बि इत्यत्र इकारस्य अनन्तरम् आयाति, तत् बिन्द् इति बिन्द् योगात् वर्णमेलनं बिन्दत् बिन्दन् बिन्दति इति रूपं भवति पुल्लिङ्गं स्त्रीलिङ्गम्।
अत्र इतोपि चिन्तनमस्ति न आयाति श्नं विकरणप्रत्यये इत्संज्ञकवर्णानां लोपकार्यानन्तरं न अवशिष्यते, इत्युक्ते न इति कथनेन नकारः अकारः च, तेन तत्र अकारलोपः अपि भवति खलु?
आम् आम् अकारः अपि अस्ति क्षम्यतः। अत्र अत्र ज्ञानलोप इति अन्यत् सूत्रमपि अस्ति, चिन्तयामि
श्नशोरल्लोपः साधु महोदय। नीलं भगिनी भवती वदतु अस्मिन् प्रसङ्गे इतोपि किं ज्ञातव्यम्?
अत्र रुदादौ एव वदनीयं वा?
रुदादिगणस्य प्रसङ्गे वदतु, भवती यद् जानाति तद्वदतु।
रुदादिगणे तत्र अहं चिन्तयामि तत्र श्नम् इति यः विकरणप्रत्ययः अस्ति तत्र यथा हेग्डे महोदयेन उक्तं तत्र मिदच्यो अन्त्यात् परः इति सूत्रेण तत्र अन्तिमच् परे एव तत्र ये विकरणप्रत्ययस्य भागः आयाति।
किमर्थं मिदच्योन्त्यात् परः कार्यं करोति अत्र?
श्नम् इति प्रत्ययः तत्र मित् अस्ति, अतः अत्र तत्र मकारः इत्संज्ञकः, अतः मिदचो अन्त्यात् परः इति सूत्रेण तत्र तत् आगमः अन्तिम अच् परे एव भवति।
श्नम् इति विकरणप्रत्यये मित्वम् अस्ति, श्नम् मित् अस्ति इति कारणतः मिदचोन्त्यात् परः इति परिभाषासूत्रेण अन्तिम अचुवर्णस्य अनन्तरम् आयाति। अत्र अन्तिम अचुवर्णः कः?
अत्र बिद् इति यः बकार उत्तरवर्ति यः ह्रस्वीकारः सः एव अन्तिमचः अस्ति धातौ।
भकारोत्तरवर्ति इकारः एव अचुवर्णः, एकः एव अचुवर्णः अस्ति अत्र, इत्युक्ते भकारोत्तरवर्ति इकारस्य अनन्तरं श्नम् आगत्य उपविशति, धातौ एव आगत्य उपविशति श्नम् गणविकरणप्रत्ययः, अनुबन्धलोपानन्तरं न एव अवशिष्यते। शपं प्रबाध्य श्नम् आयाति, भिनद् इति अङ्गं सिद्ध्यति, भिनद् योगः अत् इति रूपम् अस्ति। इदानीं वदतु
तत्र अहं सूत्रं न पठितवन्तः तत्र अकारस्य केन सूत्रेण तत्र लोपः भवति अहं न
जानामि।
अञ्जलि भगिनी भवती वदतु।
यदा भिन योगः अत् इति सोपाने नकारोत्तर अकारः अस्ति, तदनन्तरं दकारः अस्ति, अत्र श्न रुदादिगणीयप्रसङ्गः अस्ति, अतः श्नसोरल्लोपः इति सूत्रेण शम् प्रत्ययस्य यः नकारः अस्ति तस्मिन् अकारस्य लोपः जातः, अतः भियोगः न योगः द योगः अत अत् इति निष्पद्यते, तदनन्तरं वर्णमेलनं भूत्वा भिन्दत् इति प्रातिपदिकं निष्पद्यते, तस्य पुल्लिङ्ग प्रथमपुरुष एकवचनान्तरूपं भवति भिन्दन्, स्त्रीलिङ्गे भिन्दति इति रूपं निष्पद्यते।
उत्तमं, बहु सम्यक् भगिनी। अत्र शपं प्रबाध्य श्नम् विकरणप्रत्ययः आयाति, श्नम् प्रत्ययः मित् अस्ति इति कारणतः मिदचोन्त्यात् परः इति परिभाषासूत्रेण अन्तिम अचुवर्णस्य अनन्तरम् आयाति, भकारोत्तरवर्ति ईकारात् परं न आयाति, तेन तत्र शत्रुप्रत्ययस्य कृते अङ्गमस्ति भिनद् इति अङ्गमस्ति, तत्र भिनद् योगः अत् इति स्थितिः अस्ति। तत्र किं चिन्तनमस्ति? श्नम् विकरणप्रत्यये न अवशिष्यते, न इति कथनेन नकारः अकारः च, केवलं नकारः नास्ति, नकारः अकारः च, श्नम् इति कथनेन मकारः इति संज्ञकः तालवे शकारः इति संज्ञकः न अवशिष्यते, नकारः अकारः च. भिनद् योगः अत् इति स्थितिः अस्ति. तत्र अत् इति प्रत्ययः इत्युक्ते भिनद् इति अङ्गात् परं कीदृशप्रत्ययः अस्ति? अत् इति प्रत्ययः अस्ति, शत्रुप्रत्ययः अस्ति. शत्रुप्रत्ययः सार्वधातुकः अपित् प्रत्ययः, तादृशसार्वधातुक अपित् प्रत्ययः परः अस्ति, अङ्गात् परम् अस्ति. अपि च श्नम् विकरणप्रत्ययान्तम् अङ्गम् अस्ति. अतः अत्र श्नशोरलोपः इति सूत्रं कार्यं कर्तुं निमित्तानि पूरितानि भवन्ति. तदा किं भवति श्नशोरलोपः इति सूत्रेण? श्नविकरणप्रत्ययान्त अङ्गस्य नकारोत्तरवर्ती अकारस्य लोपः. सूत्रे किमुक्तमस्ति? अल्लोपः इति उक्तमस्ति. अल्लोपः इत्युक्ते अत् लोपः, अकारलोपः. अल्लोपः इत्यत्र सन्धिकार्यम् अस्ति, तोर्लि इति सूत्रमस्ति. तेन सूत्रेण सन्धिकार्यं भूत्वा अत् लोपः इत्यत्र अल्लोपः इति भवति. अतः श्नशोरल्लोपः इति सूत्रेण अकारस्य लोपः भवति. श्नं विकरणप्रत्ययान्त अङ्गस्य नकारोत्तरवर्ती अकारस्य लोपः भवति. तेन तत्र रूपं किम् अस्ति? भिनद् इत्यस्य रूपं भिन्द् भवति. भिन्द् योगः अत् भिन्दत् इति रूपं सिद्ध्यति. भिन्दत् इति शत्रन्तप्रातिपदिकम्. अत्र धातुः तु भिदिर् इरिति धातुः. अतः इरः इत्संज्ञावाच्य इति सूत्रेण इर् इत्यस्य इत्संज्ञा भूत्वा भिद् इति लौकिकधातोः निर्माणं भवति. रुधादिगणीयभिद् धातुः भिदिर् उपदेशावस्थायां तस्य रूपं. लौकिकधातुः भिद् अस्ति. भिद् धातोः लटीरूपाणि पश्यामश्चेत् प्रथमपुरुष बहुवचनरूपं भिन्दन्ति अस्ति. भिन्दन्ति, भिन्दन्ति रूपसाधनवेलायाम् अपि इमानि कार्याणि एव भवन्ति. लटीरूपाणि कानि? भिनत्ति, भिन्तः, भिन्दन्ति. लटीरूपाणि, प्रथमपुरुषलटीरूपाणि भिनत्ति, भिन्तः, भिन्दन्ति इति रूपाणि भवन्ति. भिनत्ति इत्यत्र किं भवति इति प्रश्ने सति, भिनत्ति इत्यत्र भिद् इति धातुः एव अस्ति. तत्र श्नं विकरणप्रत्ययः आयाति, मध्ये सः न आयाति, नकारः इति न वदामः, न आयाति. तत्र श्नशोरलोपः इति सूत्रं कार्यं कर्तुं सार्वधातुक अपित् प्रत्यये परे एव सः अकारलोपः भवति. किन्तु सार्वधातुक पित् प्रत्यये परे अकारलोपः न भवति. इत्युक्ते भिनत्ति इति रूपसाधनवेलायां भिनत्ति इति प्रथमपुरुष एकवचनरूपं लट्लकाररूपं, तत्र तिप् प्रत्ययः अस्ति खलु, तिप् प्रत्ययः सार्वधातुक पित् खलु, अतः भिनत्ति इति रूपसाधनवेलायाम् अकारलोपः न भवति. अतः एव भिनत्ति इति रूपं सिद्ध्यति. भिन्दन्ति इति प्रथमपुरुष बहुवचनरूपम् अस्ति, तत्र अकारलोपः भवति. भिनत्ति, भिन्तः, भिन्दन्ति. भिन्तः इत्यत्रापि अकारलोपः भवति. इत्युक्ते श्नशोरलोपः इति सूत्रं कार्यं कर्तुं धातोः परं सार्वधातुक अपित् प्रत्ययः स्यात्. तदेकं निमित्तं सार्वधातुक अपित् प्रत्ययः अस्ति चेदेव तत् सूत्रं कार्यं करोति. भिद् धातोः सर्वाणि रूपाणि पश्यामश्चेत् तिप् सार्वधातुक पित् प्रत्ययः, सिप् मिप् तत्र न भवति अस्य कार्यम्. इत्युक्ते तिप् सिप् मिप् एते प्रत्ययः सार्वधातुक पित् प्रत्ययः खलु, अतः तत्र अस्य कार्यं नास्ति. सार्वधातुक अपित् प्रत्यये परे एव श्नशोरलोपः इति सूत्रेण नकारोत्तरवर्ती अकारस्य लोपः भवति. श्नशोरल्लोपः अल्लोपः इति कथनेन अकारलोपः भवति. इदं कार्यम् अपित् सार्वधातुकप्रत्यये परे एव भवति इति स्मर्तव्यः अंशः. भिनत्ति इत्यत्र भिन्न इति रूपमस्ति खलु, तत्र नकारलोपः नास्ति. किन्तु प्रथमपुरुषद्विवचनरूपं भिन्तः, तत्र नकारलोपः जातः. भिन्दन्ति तत्रापि नकारलोपः जातः. भिन्दन्ति इत्यत्र अन्ति प्रत्ययं योजयामः, शत्रुप्रत्ययस्य प्रसङ्गे अत् योजयामः, तावानेव भेदः. अतः भिन्दत्. अग्रे तनादिगणस्य प्रसङ्गः अस्ति. तनादिगणस्य प्रसङ्गे किञ्चित् चिन्तनं कृत्वा समापयेम। सत्यभामा भगिनी भवती पठतु, तनादिगणे किं भवति?
तनादौ कृ योगः अत् योगः कर्तरि शप्, कृ योगः शप् योगः अत्, तनादि कृञ्जिः उः इत्यनेन शपं प्रभात्य उ हु आगच्छति। कृ योगः उ योगः अत् कुर्वन् कुर्वत् इति प्रातिपदिकं। तनादिगणीयधातुः अस्ति कृ इति, शत्रुप्रत्ययः अनुबन्धलोभानन्तरम् अत् अवशिष्यते। तनादिगणे अस्ति इति कारणात् उ इति व्याकरणप्रत्ययः मध्ये आगच्छति। अयं प्रत्ययः सार्वधातुकप्रत्ययः नास्ति, आर्थधातुकप्रत्ययः, अतः अत्र आर्थधातुक
अत्र तनादिगणे उ इति गणविकरणप्रत्ययः आयाति। उ इति गणविकरणप्रत्ययः कीदृशः इतोपि वदतु, आर्धधातुकः एव, आर्धधातुकः अस्ति चेत् इतोपि किं चिन्तनं करणीयम्?
आर्धधातुः अस्ति चेत् प्रत्ययः कीदृशः इति चेत् कित् ङित् 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 भिन्नः अस्ति वा इति द्रष्टव्यं। सामान्यप्रत्ययः अस्ति
अयं प्रत्ययः, अर्धधातुकप्रत्ययः, अपि च कित् नास्ति, नित् नास्ति, णित् नास्ति, णित् नास्ति, कित् नित् णित् णित् भिन्नः अर्धधातुकसामान्यप्रत्ययः। अयम् उप्रत्ययः, अर्धधातुकसामान्यप्रत्ययः अस्ति इति कारणतः प्रत्ययं निमित्तीकृत्य अङ्गकार्यं भवितुमर्हति, गुणकार्यं भवितुमर्हति। अत्र क्रु इति इगन्तमाङ्गमस्ति, इगन्तमाङ्गमस्ति इति कारणतः उप्रत्ययं निमित्तीकृत्य, इत्युक्ते उप्रत्ययः कित् नित् णित् णित् नास्ति इति कारणतः, क्रु इति इगन्तमाङ्गमस्ति इति कारणतः उप्रत्ययं निमित्तीकृत्य क्रु इति धातुरूपी अङ्गे गुणकार्यं भवितुम् अर्हति। वदतु,
धातुरूपी अङ्गे गुणकार्यं भवितुम् अर्हति अस्ति, अतः कृ इत्यस्य अर् ऋकारस्य अर् आदेशः भवति सार्वधातुक अर्धधातुकयोः गुणः इति सूत्रेण।
सार्वधातुक अर्धधातुकयोः सूत्रेण गुणः भवति। इतोपि कार्यमस्ति खलु, गुणसंज्ञकवर्णः अ आयाति, किन्तु सः अकारः उरण् रपरः इति सूत्रेण रपरः भवति खलु। तेन किं भवति?
देन् अर् कर् इति भवति। कर् इति यदा भवति तदा अनन्तरं कर् योगः उ योगः अत् इति अस्ति, तदानीम् अत उत् सार्वधातुके इति सूत्रेण अकारस्य स्थाने उकारः आदेशः भवति।
कुत्र?
कर् इत्यत्र अर् अस्ति खलु, अत्र कर् उकारः आदेशः भवति, अतः कुर् इति भवति। ककारः योगः उकारः योगः रेफः इति भवति।
उत्तमम्। अत उत् सार्वधातुके इति सूत्रं स्मर्तव्यम्। अत उत् सार्वधातुके इति सूत्रं कार्यं कर्तुम् अत्र निमित्तं किम्?
सार्वधातुकङित् प्रत्ययः अस्ति वा इति द्रष्टव्यम्। ङित् अस्ति चेत् तत् कार्यं भवति, यतोहि इदानीं शित् नास्ति इति अपित्वात् ङित्वात् भवति इति द्रष्टव्यं वा। अत्र सार्वधातुकप्रत्ययः नास्ति खलु,
अत्र शत्रुप्रत्ययः सार्वधातुकः अपित् प्रत्ययः, अतः सार्वधातुकम् अपित् इति सूत्रेण णित्वत् प्रवर्तते, अतः णित् प्रत्यये परे एव उकारादेशः भवति। अत उत् सार्वधातुके सूत्रेण उत् इति कथनेन उकारादेशः भवति इति खलु। अपित् प्रत्यये परे एव इदं कार्यं भवति। अत्र शत्रुप्रत्ययः अपित् प्रत्ययः, इत्युक्ते शत्रुप्रत्ययस्य कृते अङ्गं किम्? करु इति अङ्गमस्ति, उकारः अपि अस्ति, करु इति अङ्गमस्ति। इगन्तमङ्गमस्ति चेदपि गुणकार्यं किमर्थं न भवति? शत्रुप्रत्ययः अपित्, शत्रुप्रत्ययः अपित् कारणतः
इति सूत्रेण गुणवृद्धिनिषेधः अपित्वात् भवति, अतः इति सूत्रेण गुणवृद्धिनिषेधः भवति।
अत्र शत्रुप्रत्ययस्य कृते अङ्गमस्ति करु इति अङ्गमस्ति, अपि च अतवुत् सार्वधातुके इति सूत्रं कार्यं कर्तुं तत्र निमित्तमस्ति सार्वधातुक अपित् प्रत्ययः। सार्वधातुक अपित् प्रत्ययः इति कथनेन णित् प्रत्यये परे एव तत् कार्यं भवति. केवलं सार्वधातुकप्रत्ययानां प्रसङ्गे एव सः प्रत्ययः पित् अस्ति वा अपित् अस्ति वा इति द्रष्टव्यम्. आर्धधातुकप्रत्ययः अस्ति चेत् कित् नित् णित् णित् तादृशं चिन्तनं करणीयम्. केवलं सार्वधातुकप्रत्ययानां प्रसङ्गे एव पित् वा अपित् वा इति चिन्तनम्. अपित् अस्ति चेत् सार्वधातुकप्रत्ययः नित्वत् भवति. अत्र सार्वधातुक अपित् प्रत्यये परे अतवुत् सार्वधातुके इति सूत्रेण उकारादेशः भवति, तेन कुरु इति रूपं भवति. इदानीं वदतु कुरु योगः अत्.
कुरु योगः अत् इति अस्ति. इदानीं सूत्रस्य प्रसक्तिः अस्ति. उकारस्य अनन्तरम् अकारः अस्ति. उकारः इक् वर्णः अस्ति. अच् वर्ण अकारः परे अस्ति इति कारणात् उकारस्य स्थाने वकारादेशः भवति. कुर्वत् इति प्रातिपदिकं सिद्ध्यति.
उत्तमम्. अत्र यण् सन्धिकार्यं भवति इको यणचि इति सूत्रेण. केवलम् उकारस्य स्थाने एव वकारादेशः भवति, न तु पूर्वपरयोः. एकः पूर्वपरयोः इत्यस्य अधिकारः यण् सन्धेः प्रसङ्गे नास्ति. इको यणचि इति सूत्रम् एकः पूर्वपरयोः सूत्रस्य अधिकारे नास्ति. अतः अत्र केवलम् उकारस्य स्थाने एव वकारादेशः भवति. कुरु योगः अत् इत्यत्र उकारस्य स्थाने वकारः आगतः, अतः कुर्वत् इति प्रातिपदिकं सिद्ध्यति. अपित् प्रत्यये परे एव अतवुत् सार्वधातुके इति सूत्रं कार्यं करोति. पित् प्रत्यये परे किं भवति? पित् प्रत्यये परे अस्य कार्यं न भवति. इत्युक्ते पित् प्रत्यये परे करु एव अङ्गं भवति. अत्र शत्रुप्रत्ययस्य कृते कुरु अङ्गं भवति, किन्तु पित् प्रत्यये परे करु एव अङ्गं भवति. चिन्तयतु, करोमि, करोषि, करोति, करोति, करोषि, करोमि, तत्र पित् प्रत्ययः अस्ति खलु. तिप् सिप् मिप् करोति इत्यत्र तिप् प्रत्ययः अस्ति. तिप् प्रत्ययः पित् अस्ति. पित् अस्ति इति कारणतः सार्वधातुक पित् प्रत्ययः अस्ति. प्रथमपुरुष लट्लकार एकवचनरूपं वदन्ती अस्मि. क्रूधातोः लट्लकार प्रथमपुरुष एकवचनरूपं वदन्ती अस्मि. तत्र क्रू इति धातोः परं तिप् इति प्रत्ययः अस्ति. तिप् प्रत्यये पित्वम् अस्ति इति कारणतः तत्र अतवुत् सार्वधातुके सूत्रस्य कार्यं नास्ति. तिप् प्रत्ययस्य कृते अङ्गं करु इति अङ्गम् अस्ति. एवमेव करोषि इत्यत्र, एवमेव करोमि इत्यत्र. इत्युक्ते सार्वधातुक पित् प्रत्यये परे अतवुत् सार्वधातुके सूत्रं कार्यं न करोति. तत् सूत्रं केवलं सार्वधातुक अपित् प्रत्यये परे एव कार्यं करोति. एतद् अवगन्तुम् अत्र शत्रुप्रत्ययः सार्वधातुक अपित् प्रत्ययः, किन्तु सार्वधातुक अपित् तिङ् प्रत्ययं पश्यामः. अत्र करोति कुरुतः कुर्वन्ति, करोति कुरुतः कुर्वन्ति. कुरुतः इत्यत्र पश्यन्तु, कुरुतः इत्यत्र कुरु इति अङ्गं सिद्ध्यति तस् प्रत्ययस्य कृते. तत्र अतवुत् सार्वधातुकसूत्रं कार्यं करोति. करोति, करोमि, करोषि इत्यादिषु अतवुत् सार्वधातुकसूत्रम् अनावश्यकं, किन्तु कुरुतः कुर्वन्ति, कुरुथ, कुरुथः, कुर्वः, कुर्मः एतेषु स्थलेषु सार्वधातुक अपि तिङ् प्रत्ययाः सन्ति खलु. केवलं त्रयः एव सार्वधातुक तिङ् पित् प्रत्ययाः सन्ति, तिप् सिप् मिप्. अन्ये प्रत्ययाः, अन्ये तिङ् प्रत्ययाः सार्वधातुक अपित् प्रत्ययाः. अतः तेभ्यः परम् अतवत् सार्वधातुके सूत्रम् आगत्य उकारादेशं करोति. अतः कुरुतः, कुरुथ, कुर्वन्ति, तत्र कुरु इति अङ्गं सिद्ध्यति इति मम अवगमनम्. अतवत् सार्वधातुकसूत्रं कार्यं कर्तुं सार्वधातुक अपि प्रत्ययः धातोः अङ्गात् परं स्यात्. अतवत् सार्वधातुके इत्यस्मिन् सूत्रे करोतेः इत्यस्य अनुवृत्तिः अस्ति. इदं सूत्रं क्रूधातोः प्रसङ्गे एव कार्यं करोति. करोति इति शब्दस्य षष्ट्यन्तं रूपमेव करोतेः. करोतेः इति शब्दस्य अनुवृत्तिः अस्मिन् सूत्रे अस्ति. अपि च शत्रन्त स्त्रीलिङ्गरूपं पश्यामश्चेत् कुर्वती इति रूपम् अस्ति, तत्र नुमागमः नास्ति. केचन जनाः कुर्वन्ती इति वदन्ति, तत्तु असाधुरूपं, केवलं कुर्वती इति एव स्त्रीलिङ्गशत्रन्त प्रथमाविभक्ति एकवचनरूपं कुर्वती एव. धातुः तु उभयपदी धातुः, अतः शाणजन्तरूपमपि सिद्ध्यति, कुर्वाणः कुर्वाणा एवं रूपाणि भवन्ति. कुर्वाणः इति शाणजन्तरूपं, शाणजन्त पुंलिङ्गरूपं कुर्वाणः, तत्रापि मुखागमः न भवति, अदन्तमङ्गं नास्ति अस्मिन् गणे, अदन्तमङ्गं न सिद्ध्यति इति कारणतः आनेमुखसूत्रं कार्यं न करोति, अतः कुर्वाणः इति रूपं भवति. कुर्वाणः पुंलिङ्गे, कुर्वाणा स्त्रीलिङ्गे भवति. तद्रूपं किं? कर्त्रार्थकशाणजन्तरूपं. किन्तु कर्मार्थकशाणजन्तरूपं किम् अस्ति? क्रियमाणः. क्रियमाणः इति शाणजन्तरूपं कर्मार्थे अस्ति. आहत्य अस्माकम् अवगमनं किम्? कुर्वती इत्यत्र नुमागमः नास्ति, नुमागमसहितं रूपम् असाधु. बालिका कार्यं कुर्वती अस्ति, साधुवाक्यम्. इतोपि क्रयादिगणः अस्ति, चुरादिगणः अपि अस्ति. अस्मिन् गणद्वये शत्रन्तरूपसिद्धौ वैशिष्ट्यं किम् इति अग्रिमे सप्ताहे चर्चयिष्यामः. इदानीं समयाभावात् अत्र स्थगयामः. सर्वेषां धन्यवादाः.
धन्यवादः महोदय.
धन्यवादः भगिनि.
धन्यवादः भगिनि.
धन्यवादः भगिनि.